सर्वेषां गीतसोपानवर्गं प्रति स्वागतम्. अव्ययानां चिन्तनं क्रियमाणमस्ति. अव्ययाने इति पाठः पठ्यमानः अस्ति. गते वर्गे एव इति अव्ययस्य प्रसङ्गे चिन्तनं कृतमासीत्. पूर्वस्मिन् वर्गे एव प्रसङ्गे पठितमासीत्. अद्य इति अव्ययस्य प्रसङ्गे चिन्तनं कुर्मः. इति प्रसङ्गे चिन्तनं पूर्वस्मिन् वर्गे एव आरब्धमासीत्, किन्तु अस्मिन् प्रसङ्गे केचन अभ्यासाः सन्ति, अभ्यासान् अद्य अवलोकयामः. इति अव्ययस्य प्रयोगः कथं भवति, कदा क्रियते इति प्रश्ने सति अस्माकं पुस्तके एव दत्तमस्ति. उत्तरं किं, कदा इति शब्दस्य प्रयोगः भवति इत्युक्ते, यदा यस्य कस्यापि अन्यजनस्य अथवा अन्यस्य ग्रन्थस्य वचनं, कथनं, सन्देशः इत्यादीनां वाक्यानाम् उद्धरणं कुर्मः. इत्युक्ते अन्यजनस्य वचनम्, अन्यजनस्य कथनम्, अन्यजनस्य अन्यग्रन्थस्य सन्देशं स्वीकृत्य तस्य उत्तोलनं कुर्मः. इत्युक्ते कोटेशन्स् यदा वदामः, तेषाम् उद्धरणं कुर्मः, तेषाम् उत्तोलनं कुर्मः, तदा वचनकथनसन्देशादीनाम् अन्ते इति शब्दस्य प्रयोगः भवति. इति अव्ययात् पूर्वं तत् कथनम् अथवा तत् वचनम् अथवा सः सन्देशः यथावत् उच्यते. इत्युक्ते इति शब्दात् पूर्वं तत् कथनं, तद्वचनम् अथवा सः सन्देशः यथावत् उच्यते, कथनात् परम् अन्ते इति शब्दस्य प्रयोगः भवति. अस्य कृते कानिचन वाक्यानि वदामि. अद्य एव अहं संस्कृतं पठामि इति मम सखी वदति. अहम् अद्य एव संस्कृतकक्ष्यां गमिष्यामि इति मम मित्रम् अवदत्. अहम् अद्य एव संस्कृतवर्गस्य गृहपाठं पूर्णं करिष्यामि इति छात्रः वदति. एवं वाक्यानि लेखितुं शक्नुमः. अहम् एकम् अन्यत् वाक्यं वदामि. पुत्रः सुन्दरः इति काकः मन्यते इति एकं वाक्यमस्ति. पुत्रः सुन्दरः इति काकः मन्यते. तस्मिन् वाक्ये इति शब्दस्य प्रयोगः अस्ति. इति शब्दस्य प्रयोगं विना अपि तद्वाक्यं लेखितुं शक्नुमः. कथं, पुत्रं सुन्दरं मन्यते काकः इति वाक्यं साधु. पूर्वस्मिन् वाक्ये किम् उक्तमस्ति, पुत्रः सुन्दरः इति काकः मन्यते इति वस्तुतः वाक्यमस्ति. इति शब्दं प्रयुज्य तद्वाक्यं लिखितमस्ति. इति शब्दं विनापि तद्वाक्यं परिवर्त्य लेखितुं शक्यते. कथम् इत्युक्ते, पुत्रं सुन्दरं मन्यते काकः इति वाक्यमपि साधु. अस्मिन् द्वितीये वाक्ये इति शब्दस्य प्रयोगः नास्ति. तादृशरीत्यापि लेखितुं शक्यते. अस्माकं पुस्तके यानि वाक्यानि दत्तानि तानि वाक्यानि एवं रीत्या इति शब्दस्य प्रयोगं विना अपि लेखितुं शक्यन्ते वा इति अपि चिन्तनं करणीयम्. उदाहरणार्थं, जन्मभूमिः जननी इति भावयन्ति उत्तमजनाः इति एकं वाक्यमस्ति. जन्मभूमिः जननी इति भावयन्ति उत्तमजनाः इति वाक्यमस्ति. इति शब्दस्य प्रयोगं कृत्वा तद्वाक्यं लिखितमस्ति. किन्तु इति शब्दस्य प्रयोगं विना अपि तद्वाक्यं लेखितुं शक्यते. कथम् इत्युक्ते, जन्मभूमिं जननीं भावयन्ति जनाः इति शब्दः नास्ति चेत् द्वितीयाविभक्तेः प्रयोगः भवति. जन्मभूमिं जननीं भावयन्ति इति वाक्यमपि साधु एव. पुस्तके कानिचन वाक्यानि दत्तानि, तानि वाक्यानि अवलोकयेम. त्रिचत्वारिंशत्यधिक एकशतं पृष्ठं पश्यन्तु. त्रिचत्वारिंशत्यधिक एकशतं पृष्ठमिति कथनेन 143 पेज्. सुजाता भगिनी वदतु.
इति शब्दं प्रयुज्य वाक्यानि पुनः लिखत.
एतानि वाक्यानि उच्चैः पठत.
एतानि वाक्यानि उच्चैः पठत. एतानि वाक्यानि विशेषणविशेषभावः अस्ति. उच्चैः अव्ययमस्ति पठता पट्टा लोट् लकार मध्यमपुरुष बहुवचनमस्ति
उत्तमम् एतानि वाक्यानि द्वयोः विभक्तिः का
एतानि वाक्यानि प्रथमाविभक्ति बहुवचनमस्ति
प्रथमाविभक्तिः अस्ति वा
द्वितीयाविभक्ति द्वितीयप्रथमाविभक्ति
वाक्यम् इति नपुंसकलिङ्गपदमस्ति इति कारणतः प्रथमाविभक्त्यन्तरूपाणि द्वितीयाविभक्त्यन्तरूपाणि समानानि किन्तु अत्र अस्य विभक्तिः का
द्वितीयाविभक्त्याम्
किमर्थम् इत्युक्ते पठ् धातुः सकर्मकधातुः सकर्मकधातुः अस्ति इति कारणतः कर्मपदं स्वीकर्तुं शक्नोति वाक्यानि पठत इति लघुवाक्यं सरलवाक्यं द्वितीयाविभक्तिः अस्ति अत्र वाक्यम् इति नपुंसकलिङ्गपदम् अस्ति एतानि इत्यत्र प्रातिपदिकं किम् अस्ति उत्तमम् एतद् दकारान्तप्रातिपदिकम् एतानि वाक्यानि द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति एतानि इति सर्वनामपदम् अस्ति एतद् इति प्रातिपदिकं दकारान्तप्रातिपदिकम् अस्ति वाक्यम् इत्यत्र धातुः कः ऊहां करोतु
वच् धातुः अस्ति
वच् धातुः अस्ति उत्तमं वाक्यम् इति पदस्य निर्माणं कथं भवति इति प्रश्ने सति तत्र वच् इति धातुः अस्ति वच् धातोः परं ण्यत् इति प्रत्ययः अस्ति ण्यत् प्रत्ययं योजयितुं तत्र सूत्रमस्ति रुहलोर्ण्यत् इति सूत्रमस्ति रुहलोर्ण्यत् इति कथनेन ऋकारान्तधातूनां प्रसङ्गे हलन्तधातूनां प्रसङ्गे ण्यत् प्रत्ययः विहितः भवति इति सूत्रं वदति अजन्तधातुः अस्ति चेत् अचोयत् इति सूत्रेण यत् प्रत्ययः विहितः भवति किन्तु अत्र धातुः वच् वच् इति हलन्तधातुः हलन्तधातुः अस्ति इति कारणतः रुहलोर्ण्यत् इति सूत्रेण ण्यत् प्रत्ययः विहितः भवति ण्यत् इति कथनेन सः प्रत्ययः णित् अस्ति णित् प्रत्ययः अस्ति वच् इति धातुः अस्ति वच् धातोः परं ण्यत् इति प्रत्ययः अस्ति ण्यत् प्रत्ययः णित् अस्ति णित् इत्यस्य अर्थः कः
नकार इति संज्ञा भवति इत्यनेन
तादृशी स्थितिः अस्ति चेत् इत्युक्ते धातुः अदुपधधातुः अदुपधधातुः इति कथनेन वच् इत्यत्र पश्यतु वच् इत्यत्र चकारात् पूर्वं ह्रस्वकारः अस्ति खलु
आं भगिनि
वच् वच् इति कथनेन चकारात् पूर्वं ह्रस्वकारः अस्ति अतः अदुपधधातुः इति वदामः अदुपधधातुः वच् अस्ति तस्मात् परं णित् प्रत्ययः अस्ति तस्यां दशायाम् अत उपधायाः इति सूत्रेण उपधायाः ह्रस्वकारस्य वृद्धिः भूत्वा आकारः भवति तेन वच् वाच् भवति ण्यत् इति प्रत्यये तकारः हलन्तिमित्यनेन अपगच्छति णकारः चुटु इति सूत्रेण इत्संज्ञकः भूत्वा अपगच्छति तत्र या अवशिष्यते वच् इत्यस्य रूपं वाच् भवति ण्यत् प्रत्ययं निमित्तीकृत्य वाच्यम् इति रूपमपि अस्ति वाक्यम् इति रूपमपि अस्ति वाक्यम् इति रूपं कथं भवति वाच्यम् इति रूपं कथं भवति इति प्रश्ने सति तत्र एकं वार्तिकम् अस्ति वचः अशब्दसंज्ञायाम् इति वार्तिकमस्ति वचः अशब्दसंज्ञायां वचः अशब्दसंज्ञायाम् इति वार्तिकेन तत्र कुत्वं कुत्वम् इति कथनेन चकारस्य स्थाने ककारः आयाति कुत्वं भूत्वा वाक्यम् इति भाति वाच्यं पदमपि अस्ति वाक्यं पदमपि अस्ति तत्र रुहलोरण्यत् अत उपधायाः इत्यादीनि सूत्राणि ज्ञातव्यानि धातुः अदुपधधातुः पठ् धातुः अपि अदुपधधातुः खलु उत्तमम् अत्र उच्चैः इति रूपं लिखितमस्ति तत्र प्रातिपदिकं किमस्ति
सम्प्रसारणं भूत्वा
प्रातिपदिकम् उच्चैः सकारान्तप्रातिपदिकम् उच्चैः इति रूपम् अस्ति तत्र सकारस्य स्थाने सूत्राणां द्वारा विसर्गादेशः भवति अत्र पठत इति रूपं दत्तमस्ति पठत इत्यस्य नवरूपाणि वदतु पठ् धातोः लोट्लकाररूपाणि वक्तव्यानि नवरूपाणि.
पठतु, पठतात्, पठताम्, पठन्तु. पठ, पठतात्, पठतं, पठता. पठानि, पठाव, पठाम.
उत्तमम्. अत्र मध्यमपुरुष एकवचनं किमस्ति?
पठ अस्ति. पठ, पठता, रूपद्वयं भवति न भगिनि?
पठ इति वक्तव्यं खलु?
विसर्ग नास्ति भगिनि.
विसर्गः अस्ति चेत् किं वक्तव्यं? पठः,
पठः, पठ भवति.
पठ भिन्नं, पठ भिन्नं, पठः भिन्नं.
पठः हलन्तम् अस्ति, पठ अकार
अकारेण सह अस्ति. भेदः अस्ति खलु?
आं भगिनि.
उत्तमम्. पठतु, पठतां, पठन्तु. पठ, पठतं, पठत. पठानि, पठाव, पठाम. एवं रूपाणि भवन्ति. उच्चैः इति पदमस्ति. विपरीतार्थशब्दः कः? आपोजिट् वर्ड् कः?
उच्चैः, शनैः.
उच्चैः, नीचैः. उच्चैः पठतु इति कथनेन महता शब्देन उच्चस्वरेण, उच्चैः पठतु इत्युक्ते महता शब्देन उच्चस्वरेण पठतु इति अर्थः अस्ति. केचन जनाः उच्चैः इति वदन्ति, किन्तु सः शब्दः असाधु. इत्युक्ते उच्चैः इत्यत्र केवलम् अल्पप्राणचकारः एव स्यात्. महाप्राणचकारः असाधुरूपम् अस्ति. महाप्राणचकारयुक्तं रूपम् असाधुरूपम्. प्रथमं वाक्यं पठतु.
संस्कृतम् एव राजभाषा भवेत् इति डाक्टर् भीमराव् अम्बेड्कर् अचिन्तयत्. संस्कृतम् एव राजभाषा भवेत्. भू धातुतः भवेत् लङ्लकार.
भवेत् इति विधिलिङ्लकाररूपमस्ति. भवेत्, भवेतां, भवेयुः. अत्र संस्कृतम् इति पदमस्ति. संस्कृतं तत्र धातुः कः, उपसर्गः कः, प्रत्ययः कः?
सम् उपसर्ग अस्ति, कृ धातुतः संस्कृतं.
प्रत्ययः कः?
प्रत्ययः भवादिगणे अस्ति वा?
अत्र प्रश्नः कः? सम् उपसर्गः अस्ति, क्रू धातुतः क्ता प्रत्ययस्य योजनेन क्रूता इति रूपं सिद्धति. क्तान्तरूपम् अस्ति. क्रू इति धातुतः क्ता प्रत्ययस्य योजनेन प्रातिपदिकं किं सिद्ध्यति?
कृत् भवति.
कृता भवति. कृत इति प्रातिपदिकम् अस्ति. कृत इति प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि वदतु.
कृतः, कृता, कृतम्.
उत्तमम्. कृतः, कृतं, कृता इति त्रिषु लिङ्गेषु रूपाणि भवन्ति. अत्र नपुंसकलिङ्गे रूपं दत्तमस्ति. सम् उपसर्गपूर्वक क्रू धातुतः कथा प्रत्ययस्य योजनेन संस्कृत इति रूपं सिद्ध्यति, किन्तु नपुंसकलिङ्गे इदं पदं दत्तमस्ति. पश्यतु, अत्र सम् इत्यस्य अनन्तरं नूतनतया सकारः आगतः खलु. संयोगः कृत, तत्र रूपं किं भवति? संकृत भवति. किन्तु तत्र नूतनतया दन्त्यसकारः आगतः खलु. इत्युक्ते नूतनतया आगतः इत्युक्ते यस्य कस्यापि वर्णस्य स्थाने नास्ति. मित्रवत् आगमः इत्युक्ते मित्रम् इव अत्र सकारः आगतः. सकारस्य आगमः भवति. अस्य नाम सुट्, सुट् आगमः भवति. इत्युक्ते तस्य कृते एकं सूत्रमस्ति, सम्पर्युपेभ्यः करोतौ भूषणे इति सूत्रमस्ति. सम् परि उप शब्देभ्यः करोतौ भूषणे सुट् आगमः भवति. सुट् आगमः इति कथनेन सुट् इत्यत्र टकारः इति संज्ञकः, हलन्त्यम् इत्यनेन उकारः अपि अपगच्छति तत्र केवलं सकारः एव तिष्ठति इत्युक्ते सुट् आगमः टित् अस्ति टित् खलु आद्यन्तौ टकितौ इति सूत्रेण आदौ आयाति कुरु धातोः आदौ सः सकारः आगत्य तिष्ठति उपविशति सम्पर्युपेभ्यः करोतौ भूषणे इति सूत्रेण सुट् आगमः भवति वस्तुतः इदं पदं क्तान्तपदमस्ति संस्कृतमेव राजभाषा भवेत् इति भीमराव अम्बेद्करः अचिन्तयत् राजभाषा इति समस्तपदमस्ति किं वक्तव्यं विग्रहवाक्यं
राजायाः भाषा न जानामि भगिनि
चिन्ता मास्तु राजभाषा इति समस्तपदमस्ति काम्पौण्ड् वर्ड् द्वयोः सुबन्तयोः मेलनम् अभवत् अत्र पूर्वपदमस्ति राजन् इति प्रातिपदिकमस्ति राजा पुंलिङ्गपदमस्ति तत्र प्रातिपदिकं राजन् राजन् प्रातिपदिकं स्वीकृत्य राजा राजानौ राजानः राजानं राजानौ राज्ञः एवं रूपाणि वक्तव्यानि द्वितीयाविभक्ति बहुवचनं राज्ञः भवति एवमेव पञ्चमीविभक्तिः षष्टिविभक्तिः अपि राज्ञः राज्ञः इति लेखनीयमस्ति अत्र षष्टितत्पुरुषसमासः अस्ति राज्ञः भाषा अथवा राज्ञां भाषा इति विग्रहवाक्यं वक्तुं शक्यते राजभाषा इति कथनेन यद्यपि प्रातिपदिकं राजन् अस्ति तत्र नकारलोपः भवति भवेत् भवेत् इति विधिलिङ्गकाररूपमस्ति भवेत् भवेतां भवेयुः
भवेत् भवेतां भवेयुः भवेः भवेतं भवेता भवेयं भवेय भवेव भवेम
उत्तमं भवेव भवेम एवं रूपाणि सिद्ध्यन्ति विधिलिङ्गलकाररूपमस्ति अत्र इतोपि स्पष्टतया किं ज्ञातव्यं विधिलिङ्गलकाररूपाणि कर्तरिप्रयोगे अपि भवितुमर्हन्ति कर्मणि प्रयोगे अपि भवितुमर्हन्ति अत्र कर्तरिप्रयोगे विधिलिङ्गलकाररूपं दत्तमस्ति भूधातोः रूपं दत्तमस्ति विधिलिङ्गलकारः कीदृशः सार्वधातुकलकारः लट् लोट् लङ् विधिलिङ् एते चत्वारः लकाराः सार्वधातुकलकाराः अत्र विधिलिङ्गलकाररूपं दत्तमस्ति अत्र भव इति अदन्तम् अङ्गं सिद्ध्यति भव इति अङ्गं स्वीकृत्य विधिलिङ्गलकारसिद्धप्रत्ययः कः इति दृष्ट्वा सिद्धप्रत्ययानां निर्माणं भिन्नरीत्या भवति खलु मूलप्रत्ययाः सन्ति तिक्तसुझि एवं मूलप्रत्ययाः सन्ति मूलप्रत्ययान् स्वीकृत्य विधिलिङ्गलकारसिद्धप्रत्ययान् निर्मामः भव इति अङ्गं साधयामः भव इति अङ्गं स्वीकृत्य पश्चात् सिद्धतिङ्प्रत्ययस्य मेलनं कुर्मः अङ्गतिङ्गप्रत्ययोः मेलनं कृत्वा भवेत् इति रूपं सिद्ध्यति अचिन्तयत् इति रूपं लिखितम् अस्ति तत् किम्
अचिन्तयत् लङ्लकाररूपम् अस्ति
उत्तमम् चिन्तनं किम् अस्ति चितुम् इति धातुः अस्ति इदित् धातुः अस्ति इति कारणतः इदितोनुं धातोः इति सूत्रेण नुमागमः भवति अतः चिन्त् इति लौकिकधातुः अयं धातुः चुरादिगणे अस्ति चिन्त् इति धातुः लट्लकाररूपं चिन्तयति किन्तु लङ् अस्ति इति कारणतः
अडागम भवति इत्यनेन अडागमः भवति तत् टित् अस्ति आद्यन्तौ टकितौ इत्यनेन आदौ आयाति धातुः आदौ आयाति
उत्तमं धातुरूपी अङ्गस्य आदौ आयाति लुङ् लङ् लृङ्क्षु अट् उदात्तः अट् इति कथनेन अट् आगमः टित् आगमः अस्ति इति कारणतः आद्यन्तौ टकितौ इति सूत्रेण धातुरूपी अङ्गस्य आदौ आयाति टित् आगमः कित् आगमः अस्ति चेत् अन्ते आयाति मित् आगमः अस्ति चेत् अन्तिम अचुवर्णस्य अनन्तरम् आयाति आगमाः त्रिधा भवन्ति टित् आगमाः कित् आगमाः मित् आगमाः अत्र अचिन्तयत् इति रूपम् अस्ति अम्बेद्करः अचिन्तयत् इत्युक्ते प्रथमपुरुष एकवचनरूपम् अत्र दत्तमस्ति अन्यानि रूपाणि वदतु
अचिन्तयत् अचिन्तयताम् अचिन्तयन् अचिन्त अचिन्तः अचिन्तम् अचिन्तयत ऐ विल् टेल् अगेन् भगिनि अचिन्तयत् अचिन्तयताम् अचिन्तयन् अचिन्तः अचिन्त अचिन्तम् अचिन्तयत अचिन्तयम् अचिन्तयाव अचिन्तयाम मध्यमपुरुष ऐ डिण्ट् से करेक्ट्लि ऐ थिङ्क्
उत्तमरीत्या प्रयत्नं कृतवती भगिनी पुनः वदामि इति वक्तव्यमस्ति इमानि रूपाणि पौनःपुन्येन पौनःपुन्येन वक्तव्यानि पौनःपुन्यम् इत्युक्ते पुनः पुनः वक्तव्यम् इमानि रूपाणि तेन एव मनसि स्थायिरूपेण तिष्ठन्ति अचिन्तयत् अचिन्तयताम् अचिन्तयन् अचिन्तयः अचिन्तयतम् अचिन्तयत अचिन्तयम् अचिन्तयाव अचिन्तयाम इति लङ् रूपाणि भवन्ति अम्बेड्कर् महोदयः किं चिन्तितवान्
संस्कृतमेव राजभाषा भवेत् इति चिन्तितवान्
उत्तमम् अचिन्तयत् इत्यस्मिन् स्थाने चिन्तितवान् रूपमपि साधु खलु
आम् आं भगिनि
चिन्तितवान् अचिन्तयत् द्वयोर्मध्ये भेदः कः
भूतकाले वा भवति अचिन्तयत् लङ्लकाररूपम् अस्ति तावत् रूपमस्ति चिन्तितवान्
उत्तमम् भूतकालार्धे एव लङ्लकारप्रयोगः अपि भवति अनद्यतने लङ् अनद्यतनभूतकालः अस्ति चेत् अनद्यतने लङ् इति सूत्रेण लङ्लकारप्रयोगः भवति तिङ्गन्तपदमस्ति लङ्लकाररूपं तिङ्गन्तपदं किन्तु चिन्तितवान् इति सुबन्तपदं खलु
चिन्तितवान् अस्ति
चिन्तितवान् अस्ति इति वक्तव्यमस्ति तत्र चिन्तितवान् इति सुबन्तपदमस्ति सुबन्तपदं तिङ्गन्तपदं द्वयोर्मध्ये भेदः कः सुबन्तम्
सुप्रत्यय अन्ते अस्ति सुबन्तं तिङ् प्रत्यय अस्ति चेत् तिङन्तपदम्
बहु सम्यक् शब्दस्य अन्ते तिङ् प्रत्ययः अस्ति चेत् तत् तिङ्गन्तं शब्दस्य अन्ते सुप्रत्ययः अस्ति चेत् सुबन्तम् संस्कृतभाषायां केवलं सुबन्तम् अथवा तिङ्गन्तम् एव पदम् इति कथयितुम् अर्हः सुबन्तम् अथवा तिङ्गन्तमेव पदम् इति वक्तुम् अर्हं भवति यस्य कस्यापि शब्दस्य अन्ते तिङ्प्रत्ययः अथवा सुप्रत्ययः भवती जानाति खलु नव तिङ्प्रत्ययाः सन्ति परस्मैपदीनां कृते नव तिङ्प्रत्ययाः आत्मनेपदीनां कृते सन्ति किन्तु सुप्रत्ययाः एकविंशति सन्ति खलु सु औज समौट् शस् एवम् एकविंशतिः सुप्रत्ययाः सन्ति सुप्रत्ययस्य योजनेन सुबन्तनिर्माणं भवति चिन्तितवान् इति सुबन्तम् अचिन्तयत् इति तिङ्गन्तम् भाषा इति पदमस्ति खलु भाषा इत्यत्र भाष् इति धातुः अस्ति भुवादिगणे अस्ति भाषते इति रूपं सिद्ध्यति वदतु भाषते
भाषते भाष् इति धातुः अस्ति शप् विकरणप्रत्ययः अस्ति विकरणप्रत्ययस्य शकारस्य पकारस्य इति संज्ञा भवति आ एव अवशिष्यते भाषा अङ्गमस्ति तिङ् प्रत्यये योजनेन भाषते भवति
उत्तमम् आत्मनेपदिधातुः इत्यतः भाषते शप् विकरणप्रत्ययात् अकारः आगतः भाषिति धातुः अस्ति एकवारं पश्यतु भाषिति धातुः कीदृशः भाष् धातुः हलन्तधातुः भाष् इत्यत्र षकारः अन्तिमवर्णः अस्ति अतः अयं धातुः हलन्तधातुः भा इत्यस्य गुरुसंज्ञा अस्ति भवती श्रुतवती खलु लघुसंज्ञा गुरुसंज्ञा वर्णानां लघुसंज्ञा दीयते वर्णानां गुरुसंज्ञा दीयते भा इति तत्र दीर्घ आकारः अस्ति खलु अतः तस्य गुरुसंज्ञा दीयते दीर्घं च इति एकं सूत्रमस्ति दीर्घं च इति सूत्रेण भा इत्यस्य गुरुसंज्ञा दीयते किमर्थम् एतत् सर्वं वदन्ती अस्मि भाषा इति पदस्य रूपसाधनवेलायाम् एकं सूत्रमस्ति गुरोश्च हलः इति सूत्रमस्ति गुरोश्च हलः इत्युक्ते धातुः हलन्तधातुः स्यात् अपि च हल्वर्णात् पूर्वं स्थितस्य वर्णस्य गुरुसंज्ञा स्यात्। भाषित्यत्र भा इत्यस्य गुरुसंज्ञा अस्ति, दीर्घं च इति सूत्रेण गुरुसंज्ञा अस्ति, अपि च अयं धातुः हलन्तधातुः। एतादृशी स्थितिः अस्ति चेत् तस्मात् धातोः परम् आ इति प्रत्ययः योजनीयः। इत्युक्ते आ प्रत्ययस्य योजनेन किं सिद्ध्यति? आ इति प्रत्ययस्य योजनेन भाष्योगः आ इति स्थितिः अस्ति। तस्यां दशायाम् अजाद्यतस्टाप् इति एकं सूत्रमस्ति, तत्र भाष इति रूपं सिद्ध्यति खलु, तत्र टाप् इति प्रत्ययं योजयामः। टाप् इत्यस्मिन् आकारः अवशिष्यते, टाप् इत्यत्र पकारः हलन्तिमित्यनेन अपगच्छति, टकारः चुटु इति सूत्रेण इति संज्ञकः भूत्वा अपगच्छति। टाप् इति एकः स्त्रीप्रत्ययः, इत्युक्ते स्त्रीलिङ्गरूपसाधनवेलायां टाप् डाप् चाप् एतादृशप्रत्ययान् योजयामः, तेन आकारान्तस्त्रीलिङ्गपदं सिद्ध्यति। अत्र गुरोश्च हलः इति सूत्रम् अपि च अजाद्यतस्टाप् इति सूत्रेण भाषयोगः आ इति स्थितिः अस्ति। अकः सवर्णे दीर्घः इति सूत्रेण पूर्वपरयोः दीर्घत्वम् एकादेशः भवति, अतः भाषा इति रूपं सिद्ध्यति। गुरोश्च हलः इति सूत्रेण भाषा, क्रीडा, ऊहा इत्यादीनि रूपाणि साधयितुं शक्नुमः। अग्रिमं वाक्यं वदतु।
योगक्षेमं वहाम्यहम् इति श्रीकृष्णः अवदत्। योगक्षेमं वहाम्यहम्, वह धातु अस्ति न
वहाम्यहम् इत्यत्र सन्धिकार्यमस्ति,
वह अहं, वह अहं भवति, वहाम्यहं सवर्णदीर्घसन्धि भवति
न, अत्र वहामि अहम्,
वहामि अहम्, ओके,
वहामि अहं, तत्र सन्धिकार्यं वहामि इत्यत्र अन्तिमवर्णः कः?
इकारः अस्ति,
तस्मात् परम् अचिवर्णः अस्ति। अत्र कीदृशं सन्धिकार्यमस्ति?
यणसन्धि एव, यणसन्धिकार्यमस्ति।
उत्तमं, यण्सन्धिकार्यमस्ति, वहामि योगः अहं, यण्सन्धिकार्यमस्ति। इको यणचि इति सूत्रेण ईकवर्णस्य स्थाने यण्वर्णादेशः भवति इति कारणतः वहामि इत्यत्र ईकारस्य स्थाने यकारः आगतः। ईको यणचि इति सूत्रस्य प्रसङ्गे एकः पूर्वपरयोः इति नियमः नास्ति, इत्युक्ते तत्र द्वयोः स्थाने यण्वर्णः न आयाति, केवलं पूर्ववर्णस्य स्थाने एव यण्वर्णः आयाति, इत्युक्ते केवलम् इकारस्य स्थाने एव यकारः आगतः, न तु द्वयोः स्थाने। केषुचित् सूत्रेषु एकः पूर्वपरयोः इत्यस्य अनुवृत्तिः अस्ति, एकः पूर्वपरयोः इत्यस्य अनुवृत्तिः अस्ति चेत् तदा द्वयोः स्थाने आदेशः भवति, किन्तु इकोयणचि इति सूत्रस्य प्रसङ्गे केवलम् इकवर्णस्य स्थाने एव यण्वर्णादेशः भवति। वहामि योगः अहं, वहाम्यहम्, अत्र धातुः वह् अस्ति, वह् धातुतः वहामि, वदतु।
वह् धातु वहामि, वह् धातु शत् प्रत्यय अस्ति न
भुवादिगणे एव,
वह् योगः शप् योगः, शप् अस्ति, वह् हलन्तम् अस्ति, वह् वह वह अङ्गं भवति, वह अङ्गं उत्तमपुरुष एकवचनम् अस्ति, अमि वहामि वहामि।
वह धातुः भुवादिगणे एव अस्ति, तत्र वह् इति धातुरूपी अङ्गमस्ति, भवादिगणे अस्ति इति कारणतः शप् विकरणप्रत्ययः आयाति। उत्तमपुरुष एकवचनसिद्धतिङ्प्रत्ययं योजयामः, तेन वहामि इति रूपं भवति, वहामि योगः अहं, वहाम्यहं। योगक्षेमम् इति लिखितमस्ति, समस्तपदमस्ति, तत्र विग्रहवाक्यं कथं वक्तव्यम् इति प्रश्ने सति योगः च क्षेमं च। योगः इति पुंलिङ्गपदम्, क्षेमम् इति नपुंसकलिङ्गपदं योगः च क्षेमं च अनयोः समाहारः इति वक्तव्यमस्ति. किमर्थं तथा इत्युक्ते पदम् एकवचने एव उक्तमस्ति, द्वन्द्वसमासः अस्ति. द्वन्द्वसमासस्य प्रसङ्गे प्रभेदद्वयमस्ति, द्विप्रकारकद्वन्द्वसमासः अस्ति, समाहारद्वन्द्वः अन्यप्रकारकद्वन्द्वसमासः अपि अस्ति, किन्तु अस्मिन् पदे समाहारद्वन्द्वसमासः अस्ति. समाहारद्वन्द्वसमासः अस्ति इति कारणतः योगः च क्षेमं च अनयोः समाहारः इति विग्रहवाक्यं वक्तव्यं भवति. समाहारद्वन्द्वसमासः अस्ति, अत्र पदार्थद्वयमस्ति. युज् धातोः रूपमेव योगः, युज् धातुतः घञ् प्रत्ययस्य योजनेन योगः इति रूपं सिद्ध्यति. युज् उदुपधधातुः खलु, भुगन्तलघुपधस्य च इति सूत्रेण गुणकार्यं भूत्वा योज् जकारस्य स्थाने गकारः सन्धिकार्यं भूत्वा भवति. अस्य कृते श्लोकः अस्ति, योगक्षेमं वहाम्यहम् इति प्रसङ्गे श्लोकः अस्ति. स्मरयति वा, श्रुतवती वा? श्रुतवती खलु,
श्रुतवती.
अनन्याश्चिन्तयन्तो मा ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्. पुनः वदामि, अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्. नित्याभियुक्तानां योगक्षेमम् अहं वहामि इति श्रीकृष्णः वदति. केषां केषां जनानां योगक्षेमम् अहं वहामि इत्युक्ते नित्याभियुक्तानां जनानां, नित्यस्मरणशीलानां जनानां योगक्षेमं, भक्तानां योगक्षेमम् अहं वहामि इति श्रीकृष्णः वदति. योगः इत्युक्ते किम्?
योगः
योगः इत्युक्ते इदानीं पर्यन्तं यद् न आगतं तस्य प्रापणं, भिन्नरीत्या वदामि, अप्राप्तस्य प्राप्तिः. यद् इदानीं पर्यन्तं न प्राप्तं तस्य प्राप्तिः एव योगः. अप्राप्तस्य प्राप्तिः इत्युक्ते अप्राप्तस्य लाभः. यद् इदानीं पर्यन्तं न प्राप्तमस्ति तस्य प्रापणं स एव योगः. क्षेमं, क्षेममिति नपुंसकलिङ्गपदम् अस्ति, तस्य अर्थः कः इति प्रश्ने सति प्राप्तस्य परिरक्षणम् इत्युक्ते यद् आगतं तस्य परिरक्षणं, तस्य परिपालनम् एव क्षेमम् इति वदामः. इत्युक्ते अप्राप्तस्य प्राप्तिः एव योगः, प्राप्तस्य परिरक्षणम् एव क्षेमम्. द्वयमपि आवश्यकं खलु अस्माकं कृते? तदेव भगवता उक्तमस्ति, योगक्षेमं वहामि अहम् इति श्रीकृष्णः अवदत्. क्षेमम् इति कथनेन स्थितस्य परिरक्षणम् इत्यपि वक्तुं शक्यते. तेषां योगक्षेमम् अहं वहामि. वहामि इत्यस्य अर्थः अत्र धारयामि, अहं तत् कार्यं करोमि इति अर्थः अस्ति. तेषां योगक्षेमम् इति कथनेन केषां योगक्षेमम्? ये जनाः स्मरन्ति
तस्य, तेषां योगक्षेमम् अहं वहामि.
श्लोकं जानीमश्चेदेव वक्तुं शक्यते, श्लोकस्य अर्धभागः एव अत्र दत्तमस्ति. नित्यस्मरणशीलानां, भगवन्तम् एव चिन्तयन्तः जनानां, भगवन्तम् एव चिन्तयन्तः जनानां योगक्षेमं भगवान् एव स्वीकरोति, भगवान् एव वहति. श्रीकृष्णः इति पदमस्ति, तदपि समस्तपदमेव.
श्रीकृष्णः
सुन्दरमहोदय वदतु.
श्रियः युक्तः कृष्णः, या श्रियः कृष्णः.
विग्रहवाक्यं समीचीनतया वदतु.
श्रीः, ओके, श्रीः, श्रियो, श्रियः, श्रिया, श्रिया सः कृष्णः. श्रिया तृतीया विभक्ति.
श्रीयुतः कृष्णः, श्रीयुतः कृष्णः. तत्र युतः इति पदं नूतनतया आगतम्, अतः मध्यमपदलोपि कर्मधारयसमासः. श्रीसहितः कृष्णः, श्रीयुतः कृष्णः, श्रीयुक्तः कृष्णः. इत्युक्ते युक्तः, सहितः इत्यादीनि पदानि तत्र न सन्ति, इत्युक्ते नूतनतया पदम् अत्र स्थापयामः, अतः मध्यमपदलोपी कर्मधारयसमासः भवितुमर्हति. श्रीः इति पदस्य अन्ते सर्वदा विसर्गः लेखनीयः. एवमेव लक्ष्मीः इत्यत्रापि विसर्गः सर्वदा स्यात्. नदीशब्दवत् न लेखनीयं, नदी तत्र विसर्गः नास्ति, किन्तु श्रीः, लक्ष्मीः, ह्रीः इत्यादिषु तत्र विसर्गः अस्ति, विसर्गयुक्तं रूपमेव लेखनीयम्. भवान् वदतु इतोपि.
इतोपि इत्युक्ते श्रीः श्रियौ श्रियः श्रियं श्रियौ तादृशं भवति.
श्रीः इत्युक्ते लक्ष्मीः. अवदत् इति रूपं दत्तमस्ति खलु, अवदत् इत्यस्य नवरूपाणि वदतु.
अवदत् अवदत् अवदताम् अवदन् अवदः अवदतम् अवदत अवदम् अवदाव अवदाम.
उत्तमम्. वद् धातुः भुवादिगणे अस्ति. वद् धातुः भुवादिगणे अस्ति इति कारणतः वद इति अङ्गं सिद्ध्यति, अदन्तम् अङ्गं सिद्ध्यति. भुवादिगणीयधातुः अस्ति इति कारणतः शप् विकरणप्रत्ययः आयाति, अपि च लङ्लकारप्रसङ्गे लुङ् लङ् लृङ् षु अट् उदात्तः इति सूत्रेण अडागमः भवति. वद इति अङ्गम् अस्ति. अडागमः आदौ अभवत्, अट् आगमः टित् अस्ति. टित् अस्ति इति कारणतः अङ्गस्य आदौ आयाति, अतः अवद इति रूपं सिद्ध्यति. अवदत् इति रूपसाधनवेलायां प्रथमपुरुष एकवचनरूपम् अस्ति, लङ्लकाररूपम् अस्ति. प्रथमपुरुष एकवचन तिङ्प्रत्ययः कः वदतु? मूलप्रत्ययः.
मूलप्रत्ययः
तिप् अस्ति खलु. तिप् अस्ति. तिप् स्थाने, तिप् स्थाने केवलं तकारः एव किमर्थम् आगतः? पकारः हलन्ति इत्यनेन अपगच्छति, तत्र ति अवशिष्यते खलु. ति स्थाने केवलं तकारः किमर्थम् आगतः?
इकारः लोपः भवति, किं सूत्रेण इति न
जानामि. इतश्च तिप् तिप् इत्यत्र पकारः हलन्ति इत्यनेन इत्संज्ञकः भवति, ति अवशिष्यते. ति इत्यस्मात् इकारस्य लोपः भवति, इतश्च इति सूत्रेण भवति. इतश्च सूत्रस्य कृते वर्णनं किं दत्तमस्ति? नित्लकारेषु लङ्लकारः नित्लकारः खलु, इत्युक्ते लङ् इति कथनेन ञकारः इति संज्ञकः अस्ति. नित्लकारेषु परस्मैपदेषु इतः लोपः भवति. नित्लकारेषु परस्मैपदेषु इतः लोपः भवति इतश्च सूत्रेण. अतः सिद्धतिङ्प्रत्ययः त अस्ति, इत्युक्ते केवलं तकारः एव प्रथमपुरुष एकवचनप्रत्ययः लङ्लकारे. अडागमः भवति, वदा इति अङ्गमस्ति. अङ्गतिङ्प्रत्ययोः मेलनं कुर्मः, सिद्धतिङ्प्रत्ययः तकारः अस्ति, तथा अवदत् इति रूपं सिद्ध्यति. बहुवचनरूपमस्ति अवदन्. अवदन् इत्यत्र अन्ति इति प्रत्ययः अस्ति. वदतु.
झोन्तः इति सूत्रेण झकारस्य स्थाने अन्त् आदेशः भवति, ति अवशिष्यते, अन्ति इति प्रथमम् आगच्छति, तदनन्तरं नकारः एव नुमागम.
तत्र अन्ति इति प्रत्ययः आयाति खलु, इत्युक्ते झोन्तः इति सूत्रेण झा स्थाने अन्त आदेशः भवति, अन्ति इति रूपं सिद्ध्यति. अन्ति इत्यत्र इतश्च इति सूत्रेण इकारस्य लोपः आदौ भवति, इत्युक्ते प्रथमपुरुष बहुवचन लङ्लकाररूपम् अवदन् तस्मिन् प्रसङ्गे अन्ति इत्यत्र इकारस्य लोपः भवति चेत् किं रूपं सिद्ध्यति? अन्त् इति रूपं सिद्ध्यति. पश्चात् तस्मात् परं संयोगान्तस्य लोपः इति एकं सूत्रमस्ति. संयोगान्तस्य लोपः इति सूत्रेण अन्ते स्थितस्य तकारस्य लोपः भवति, तेन अन् इति रूपं सिद्ध्यति, तथा अवदन् इति रूपं सिद्ध्यति. इत्युक्ते आहत्य इतस्य सूत्रेण इकारस्य लोपः, संयोगान्तस्य लोपः इति सूत्रेण अन्तिमतकारस्य लोपः भवति, तेन बहुवचनरूपम् अवदन् इति भवति. अग्रिमं वाक्यं भवान् पठतु. तृतीयं वाक्यं, सीदन्ति मम गात्राणि इति अर्जुनः अवदत्.
सीदन्ति मम गात्राणि इति अर्जुनः अवदत्. तत्र सीदन्ति सद् सीद् इति धातोः बहुवचनरूपम् इदम्.
रूपाणि एकवारं स्मारयतु
सीदति सीदतः सीदन्ति सीदसि सीदतः सीदथ सीदामि सीदावः सीदामः
धातुः अस्ति सद्लु औपदेशिकधातुः सद्लु अस्ति अनुबन्धलोपं करोतु धातुतः
लकारः उपदेश अजनुनासिक इति सूत्रेण लु इति वर्णम् अनुबन्ध लोपः भवति इत्संज्ञा भूत्वा लोपः भवति सद् एव अवशिष्यते तदनन्तरं
सद् इति लौकिकधातुः धातुः भुवादिगणे अस्ति इति कारणतः शप् विकरणप्रत्ययः आयाति शप् विकरणप्रत्यये परे इत्युक्ते शितिपरे इति वक्तव्यं शप् विकरणप्रत्ययः शित् अस्ति इति कारणतः शितिपरे सद् धातोः प्रसङ्गे एकेन विशिष्टसूत्रेण सीद् आदेशः भवति सद् इत्यस्मिन् स्थाने सीद् आदेशः भवति तत्र सूत्रमस्ति पाघ्राध्मा स्थाम्ना दान् दृशि अर्ति सर्ति सदसदाम् इति लिखितमस्ति सदसदाम् इति कथनेन तत्र षष्ट्यन्तं पदं सदाम् इति इत्युक्ते सद् धातोः प्रसङ्गे अपि तत् सूत्रं कार्यं करोति तत् सूत्रं पाधातोः प्रसङ्गे अपि कार्यं करोति पाधातोः पास्थाने पिब आदेशः भवति पाधातुः आकारान्तधातुः किन्तु तस्य लटीरूपं किमस्ति
पिबति पिबतः पिबन्ति
पिबति अस्ति खलु तत्र पास्थाने पिब आदेशः भवति अनेन विशिष्टसूत्रेण एवमेव अत्र सद् धातोः प्रसङ्गे अपि सीद् आदेशः भवति
शपः प्रयोजनम् अस्ति वा अस्मिन् सूत्रे अपि
अस्मिन् सूत्रे निमित्तं किम् इत्युक्ते क्षितिपरे
क्षितिपरे ओके शप् तस्य प्रयोजनमस्ति एव
षित् प्रत्यये परे अत्र शप् प्रत्ययः षित् अस्ति खलु क्षितिपरे इदं सूत्रं कार्यं करोति बहूनां धातूनां प्रसङ्गे इदं सूत्रं कार्यं करोति पा धातोः प्रसङ्गे घ्राद् धातोः प्रसङ्गे धमा धातोः प्रसङ्गे अपि इदं सूत्रं कार्यं करोति धमा इत्यस्य रूपं धमति इति रूपं सिद्ध्यति किन्तु तस्मिन् सूत्रे किं लिखितमस्ति पाघ्राध्मास्थाम्नादाण् दृशि अर्ति सर्ति सदसदाम् इत्युक्ते एतेषां स्थाने के आदेशाः भवन्ति पिब जिघ्रधमतिष्ठ मनयच्छ पश्यच्छ धौषीय सीदां सद् स्थाने सीद् आदेशः भवति पास्थाने पिब घ्रास्थाने जिघ्र ध्मास्थाने धम स्थास्थाने तिष्ठ स्थाधातोः लटीरूपं
तिष्ठति
अनेन सूत्रेण एव स्थाधातोः प्रसङ्गे तिष्ठ आदेशः भवति क्षितिपरे अर्धधातुकप्रक्रियायाम् एतादृशं रूपं न सिद्ध्यति पाधातोः रुटिरूपं पास्यति केवलं क्षितिपरे एव इदं सूत्रं कार्यं करोति अर्धधातुकप्रक्रियायाम् इत्युक्ते रुट् लकारप्रसङ्गे धातुगणचिन्तनं नास्ति धातुः पा अस्ति चेत् पास्यति ध्मा अस्ति चेत् ध्मास्यति स्था अस्ति चेत् स्थास्यति एवं रूपाणि भवन्ति किन्तु अस्य सूत्रस्य प्रवर्तनार्थं निमित्तमस्ति क्षितिपरे क्षितिपरे धातुः तु औपदेशिकधातुः सद्लु अस्ति लौकिकधातुः सद् अस्ति भुवादिगणे अस्ति इति कारणतः शप् विकरणप्रत्ययः आयाति इति कारणतः पाघ्राध्मा इति विशिष्टसूत्रेण सद् स्थाने सीद् आदेशः भवति इति कृत्वा सीदति सीदन्ति इति रूपाणि भवन्ति गात्राणि तस्य अर्थः कः
गात्राणि इत्युक्ते शरीरस्य अङ्गानि अवयवानि
गात्रम् इति कथनेन शरीरम्
परन्तु अत्र गात्राणि इति एकमेव शरीरम् अस्ति किल
गात्राणि इत्यत्र अणत्वम् अस्ति वदतु
अत्र दशाभ्यां नोणः इति सूत्रेण सोरि अट्कु वाङ्मनं व्यवायति अस्ति व्यवधानम् अस्ति अत्र आङ् इति व्यवधानम् अस्ति अट्कु वाङ्मनं व्यवायति इति सूत्रेण अत्र नकारस्य णकारः भवति
अत्र व्यवधानरूपेण कः वर्णः अस्ति
अत्र आङ् आ एव अस्ति
अत्र आङ् इति रूपम् अस्ति वा नो चेत् आ इति अच्वर्णः अस्ति वा
आ इति अच्वर्णः एव अस्ति आङ् इति उपसर्गः अस्ति किल आङ् इति उपसर्गमस्ति
अत्र केवलम् अच् वर्णः अस्ति. आकारः कस्मिन् प्रत्याहारे अस्ति?
आकारः अण् प्रत्याहारे अस्ति.
अट्
अट् ओके अट् अट् प्रत्याहारे अस्ति. आम्
अट् प्रत्याहारे अस्ति. आकारः अट् प्रत्याहारे अस्ति, बाधकवर्णः नास्ति. अत्र रेफोत्तरवर्ती आकारः बाधकवर्णः नास्ति. रेफदन्त्यनकारयोः मध्ये आकारः अस्ति. अत्र रेफस्य साक्षात् अनन्तरं दन्त्यनकारः नास्ति, अतः रसाभ्यां नोणः सूत्रं कार्यं न करोति. अत्र अट्कुप्वाङ्गनं व्यवायेपि सूत्रेण अणत्वं भवति. क्षेत्रम् अस्ति चेत् बहुवचनं किम् अस्ति?
क्षेत्रं क्षेत्रे क्षेत्राणि.
पात्रं
पात्रे पात्राणि.
अत्र गात्रं
गात्रं गात्रे गात्राणि.
उत्तमं. शब्दकोशं दृष्टवती अतः वदन्ती अस्मि. गच्छत्यनेन इति गात्रम्.
गच्छत्यनेन
गात्रम् इति शब्दस्य कृते पर्यायवाचिनः शब्दाः सन्ति. कश्चन शब्दान् वदतु. शरीरम्
देहः तदनन्तरं वपुः वपुस् शब्दः वपुषि वपुंषि.
उत्तमं. देहः इति पुंलिङ्गपदं, शरीरम् इति नपुंसकलिङ्गपदं, वपुः इति अपि नपुंसकलिङ्गपदं. कायः
कायः इति पुल्लिङ्गपदमेव.
उत्तमम्. अत्र शरीराणि इत्यत्र अणत्वं किमर्थम्?
शरीराणि तत्रापि तदेव अट्कुवाङ्गं व्यवायेपि इति सूत्रेण रेफस्य एवं नकारस्य मध्ये आकारः व्यवधानरूपेण तिष्ठति, परन्तु अट् उपसर् अट् इति प्रत्याहारे अस्ति इति कारणेन व्यवधानं न भवति इति कारणेन तत्र नकारस्य नकारः आदेशरूपेण भवति.
उत्तमम्. गात्रं शब्दस्य कृते पर्यायवाचिनः शब्दाः सन्ति. शरीरं, देहः, वपुः, कायः, तनुः इति रूपमपि अस्ति. अग्रिमं वाक्यं वदतु.
अग्रिमं वाक्यं विमृश्येत दशेषेण विमृश्य एतद् अशेषेण यथेच्छसि यथा इच्छसि तथा कुरु इति श्रीकृष्णः उक्तवान्. विमृश्य एतद् अशेषेण यथा इच्छसि तथा कुरु इति श्रीकृष्णः उक्तवान्. विमृश्य इति ल्यबन्तम् अव्ययमस्ति. वि इति उपसर्गपूर्वक मृश्युधातोः ल्यबन्तम् अव्ययम्.
अत्र विमृश्य इत्यस्य अर्थः कः?
विमृश्य इति विमर्शनं कृत्वा
आलोचनं कृत्वा
रूपेण आलोचनं कृत्वा
आलोचनम् इति कीदृशं पदम्?
आङ्ग् उपसर्गपूर्वक लोच् इति धातुः मन्ये. लोच् इति लोच् इति धातोः ल्युडन्तं पदमस्ति.
ल्युडन्तमस्ति. लोचनम् इति ल्युडन्तमस्ति. विमृश्य इत्यस्मिन् स्थाने आलोच्य इति ल्यबन्तमपि स्थापयितुं शक्यते. विमृश्यैतदशेषेण इत्यत्र सन्धिकार्यम् अस्ति. वदतु.
अत्र विमृश्य एतत् तत्र वृद्धिसन्धिः अस्ति. वृद्धिरेचि इति सूत्रेण वृद्धिसन्धिः अस्ति. विमृश्य योगे एतत् विमृश्यैतत् इति अकारस्य एकार पदे सन्धिकार्यं भवति. वृद्धिरेचि सन्धिना वृद्धिसन्धिः भवति.
दर्शने इत्यस्मिन् अर्थे लोच् धातुः अस्ति, ल्युडन्तम् अस्ति, लोचनम् आ उपसर्गपूर्वक लोचनम् आलोचनम् आलोचनं कृत्वा आलोच्य इति रूपमपि स्थापयितुं शक्नुमः विमृश्य इत्यस्मिन् स्थाने. विमृश्य एतदशेषेण विमृश्य योगः एतद्
इति जत्वसन्धिः अस्ति.
न विमृश्य एतद् एतद् इति दकारान्तप्रातिपदिकम् अस्ति, केवलं वर्णमेलनमेव. आदौ वृद्धिसन्धिकार्यमस्ति. विमृश्य योगः एतद् इत्यत्र विमृश्यैतद् इति रूपं सिद्ध्यति. वृद्धिरेच्युसूत्रेण वृद्धिकार्यं भवति, तेन विमृश्यैतद् विमृश्यैतद् योगः अशेषेण.
एतद् इति दकारान्तः कथम् आगच्छति?
प्रातिपदिकमेव दकारान्तप्रातिपदिकम्.
ओ एवं वा? ओके.
तद् शब्दः दकारान्तशब्दः, एतद् शब्दः दकारान्तशब्दः. तद् योगः अशेषेण, तद् अशेषेण इति भवति. तत्र केवलं वर्णमेलनमेव अस्ति. यथेच्छसि वदतु.
यथा इच्छसि, यथेच्छसि गुणसन्धिकार्यमस्ति. आद्गुणः इति सूत्रेण गुणसन्धिः भवति. यथा योगे इच्छसि, यथेच्छसि इति.
अस्मिन् श्लोके यथा तथा प्रयोगः अस्ति. यथा तथा उपयुज्य वाक्यं वदतु.
यथा तथा
यथा राजा
तथा प्रजा.
यथा देशः
यथा देशः
तथा भाषा.
तथा भाषा ओके.
यथा प्रयत्नः
तथा
फलं.
फलं
यथा वासांसि जीर्णानि विहाय नवानि गृह्णाति तथा एव.
तथा एव
गीताश्लोकः अस्ति खलु?
गीताश्लोकः अस्ति.
यथा जीर्णानि वासांसि विहाय नवानि गृह्णाति
तथा
एव.
तथा एव शरीराणि
जीर्णानि शरीराणि विहाय
नव शरीरं प्राप्नुवन्ति.
नवानि शरीराणि प्राप्नुवन्ति. यथा शिक्षकः वदति तथा छात्रः
अनुवदति.
उत्तमम्, अनुवदति. यथा व्यासः उक्तवान् तथा गणेशः
लिखितवान्.
अत्र कुरु इति रूपं दत्तमस्ति, वदतु.
कुरु इति क्रीडातोः मध्यमपुरुष एकवचनरूपम् अस्ति कुरु इति. तत्र अतौ सार्वधातुके इति सूत्रेण सार्वधातुके सार्वधातुक प्रत्ययपरे क्रीडातोः क्रियोगे किमस्ति
भगिनी भवती वक्तुमिच्छति वा? कुरु प्रसङ्गे रूपसिद्धिः कथं भवति, भवती वदतु.
क्रु इति कुरु इति लोट् लकारस्य मध्यमपुरुषस्य एकवचनं रूपं कुरु इति. क्रु रूपसिद्धेः रूपसिद्धि यदा वयं कुर्मः तदा कुरु योगः सि इति सिप् इति भवति. तत्र सेर्यपिच्चैत्यनेन हि आगच्छति. हि अधुना सार्वधातुके प्रत्यये परे कर्तरि शप् इत्यस्य प्रसङ्गः, परन्तु तद् बाधित्वा तत्र तनाधिकृभ्यः उः इत्यनेन उ विकरणप्रत्ययः आगच्छति. क्रु उ हि इति स्थितौ उ इति आर्धधातुकप्रत्ययः इति कारणात् सार्वधातुकार्धधातुकयोः इत्यनेन कर् इति भवति. उरण्ड्रपरः इत्यनेन कर् उ हि. अत्र एकः विषयः अस्ति. ह्यः विद्याभगिन्याः वर्गे वयं बहु चर्चितवन्तः एतस्मिन् विषये, एतस्य विषये. क्रु करु इति करु कर् उ हि अत्र द्वयोः सूत्रयोः प्रसङ्गः अस्ति. एकं तु अत उत् सार्वधातुके इत्यनेन उकारस्य प्रसङ्गः यदा महोदयेन उक्तं. तथैव अन्यत् एकं सूत्रमस्ति उतश्च प्रत्ययाद् संयोगपूर्वात् इति. इत्यनेन हि इत्यस्य लुक् अपि भवितुम् अर्हति. अत्र द्वयोः सूत्रयोः युगपत् प्राप्तिः अस्ति, अतः अपि च तत्र समानाश्रयः अपि अस्ति. द्वयोः द्वे सूत्रे अपि आभीयसूत्रे स्तः इति कारणात् तत्र असिद्धवदत्राभात् इति सूत्रं तत्र कार्यं करोति. प्रथमं तु उतश्च प्रत्ययादसंयोगपूर्वात् इति सूत्रं नित्यसूत्रमस्ति इति कारणात् तस्य बलवत्त्वं भवति. इति कारणात् तत्र प्रथमं तु उतश्च प्रत्ययादसंयोगपूर्वात् इत्यनेन हि इत्यस्य लुक् भवति. अधुना कर् उ इति अवशिष्यते. अत्र अन्यत् सूत्रम् अतौ सार्वधातुके इति सूत्रम् अत्र कार्यं कर्तुं प्रभवति, परन्तु तत्र हि इत्यस्य लुक् असिद्धवत् भवति. अतः तत्र अतौ सार्वधातुके इत्यस्य कृते हि तत्र अस्ति, तत् सूत्रं तत्र हि पश्यति इति कृत्वा हि इत्यस्य प्रभावेण क इत्य ककारोत्तरवर्ती यः अकारः तस्य स्थाने उकारः आगच्छति. अतः कुर् उ हि कुर् उ इति भवति, अन्तिमं रूपं कुरु इति भवति. तत्र हि वयं तस्य लुक् कृतवन्तः, परन्तु अतौ सार्वधातुके इत्यस्य कृते टेम्पररिलि तत्र हि दृश्यते, परन्तु कार्य परन्तु वस्तुतस्तुतो तु तत्र हि नास्ति. अतः कुर् उ कुरु इति भवति इति विषयः वयं चर्चितवन्तः ह्यः.
अस्तु, धन्यवादाः भगिनी, उत्तमं.
धन्यवादः.
अत्र उतश्च प्रत्ययादसंयोगपूर्वात् तेन सूत्रेण हि प्रत्ययस्य लोपः भवति. उतश्च प्रत्ययादसंयोगपूर्वात् अत्र असंयोगपूर्वः उकारः अस्ति इति कारणतः तस्मात् परे स्थितस्य हि प्रत्ययस्य लुक् भवति. दाधातोः रूपं देहि इत्यत्र हि प्रत्ययस्य लोपः न दृश्यते, किन्तु कुरु इत्यत्र हि प्रत्ययस्य लोपः भवति. एवमेव पठ इति मध्यमपुरुष लोट्लकार एकवचनरूपं पठ इत्यत्रापि हि प्रत्ययस्य लुक् भवति, किन्तु भिन्नसूत्रेण
अतोहेः
इति सूत्रेण हि प्रत्ययस्य लोपः भवति पठ इत्यत्र. किन्तु अत्र उतश्च प्रत्ययादसंयोगपूर्वात् सूत्रेण प्रत्ययस्य लोपः भवति, अपि च अतौत् सार्वधातुके सूत्रेण करु इत्यस्य रूपं कुरु भवति तत्र. अग्रिमं पदं किं दत्तमस्ति? उक्तवान्. महोदय, भवान् वदतु, उक्तवान् रूपं कथं साधनीयम्?
वचनधातुः अस्ति, वच्योगे तवतु प्रत्ययः अस्ति. वच् योगे तवतु प्रत्ययः अस्ति. तवतु प्रत्ययः ककारः लशक् वर्तते इति सूत्रेण ककारः इत्संज्ञा भूत्वा लोपः भवति. उकारः अपि उकारः उपदेशे अजनुनासिक इति सूत्रेण उकारः अपि अनुनासिक उकारः अपि लोपः भवति इत्संज्ञा भूत्वा. तवत् एव अवशिष्यते. अधुना वच् योगे तवत् इति भवति. वच् उक्त् भवति किल, किं सूत्रेण वच् दातु वच् इति दातु?
अहं किञ्चित् वदामि. वचिस्वपि यजादीनां किति इति सूत्रेण वच् धातोः प्रसङ्गे कित् प्रत्ययः अस्ति. तावत् प्रत्ययः कित् अस्ति इति कारणतः सम्प्रसारणकार्यं भूत्वा तत्र वकारस्य स्थाने एव उकारः आयाति. वकारोत्तरवर्ती अकारः अपि अस्ति. वच् इति कथनेन वकारोत्तर अकारः अस्ति, पश्चात् चकारः अस्ति. अत्र सम्प्रसारणकार्यं वचिस्वपि यजादीनां किति सूत्रेण भवति. तत्र वकारस्य स्थाने उकारः आयाति, किन्तु तत्र सम्प्रसारणाच्च इति एकम् अन्यत् सूत्रम् आगत्य पूर्वपरयोः स्थाने पूर्वरूपादेशः भवति इति सम्प्रसारणाच्च इति सूत्रेण उच्यते. इत्युक्ते तत्र आदौ वकारस्य स्थाने उकारः आयाति, उकार अकारयोः द्वयोः स्थाने पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशः भवति. अतः उ एव तिष्ठति, तेन उच् भवति. उच् योगः तवत् चोः कुः इति सूत्रेण चकारस्य स्थाने ककारः आयाति पश्चात् वर्णमेलनेन उक्तवत् इति प्रातिपदिकं पुंलिङ्गे उक्तवान् इति प्रथमाविभक्ति एकवचनरूपं सिध्यति किमर्थं सम्प्रसारणाच्च सूत्रं कार्यं करोति इति प्रश्ने सति तत्र पुनः यणादेशः मा भूत् पुनः यणादेशः तत्र मा भूत् इति आशयः इत्युक्ते वकारस्य स्थाने उकारः आगतः उकार अकारयोः मध्ये यणादेशः पुनः भवति चेत् अनिष्टं रूपं सिध्यति अतः तत्र सम्प्रसारणाच्च सूत्रेण पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशः भवति उक्तवत् इति प्रातिपदिकं सिध्यति अग्रिमं वाक्यं शुभदा भगिनी भवती करोतु पञ्चमं वाक्यं
पञ्चमं वाक्यं तदात्मानं सृजाम्यहम् इति कः उक्तवान् तत्र तदात्मानं तत् आत्मानं सृजामि अहम् इति तस्य सन्धिविच्छेदः भवेत् इति कः उक्तवान् तत्र वर्णमेलनम् एव तद् आत्मानम् इति
वर्णमेलनमेव तद् योगः आत्मानं तदात्मानं वर्णमेलनं सृजाम्यहम् इत्यत्र
इत्यत्र तु यण् सन्धिः अस्ति इकारः अकारयोः संहितायां
सृजामि योगः अहं यण् सन्धिकार्यम् इको यणचि कार्यम्
इको यणचि आम्
उक्तवान् इति चर्चितमेव अस्मिन् प्रसङ्गे भवती वदतु अयं श्लोकः गीतायाम् अस्ति श्लोकं जानाति वा
आं भगिनि यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् इति
उत्तमं यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् अभ्युत्थानम् इति पदमस्ति तत्र अभियोगः उत्थानं तत्रापि यण्सन्धिकार्यमस्ति उत्थानं कीदृशम्
उत्थानम् उद् उपसर्गपूर्वकः स्थाधातोः रूपं ल्युडन्तरूपम् इति मन्ये
उत्तमम् उत्थानम् इति ल्युडन्तरूपमस्ति तत्र उदः स्थास्तम्भो पूर्वस्य इति सूत्रेण कार्यं भवति खलु
आमां तकारः आजिनम्
अत्र प्रश्नार्थकवाक्यमस्ति उत्तरं किमस्ति कः उक्तवान्
भगवान् श्रीकृष्णः उक्तवान्
किम् उक्तवान्
तदात्मानं सृजाम्यहम् इति सः उक्तवान्
कदा आत्मानं सृजामि इति उक्तवान्
यदा यदा हि धर्मस्य ग्लानिः भवति तदा तदा अहम् आत्मानं सृजामि इति सः उक्तवान्
उत्तमम् यदा यदा धर्मस्य हानिः भवति अपि च यदा यदा अधर्मस्य आधिक्यं भवति तदा लोकहिताय अहम् अवतरामि अहं प्रकाशयामि इति वदति यद्यपि अहं निराकारः तथापि साकारः भूत्वा साकारः भविष्यामि लोकहिताय इति यदा तदा प्रयोगं कृत्वा वाक्यं वदतु यदा वृष्टिः भवति
तदा सस्यं वर्धते
उत्तमं यदा वृष्टिः भवति तदा छत्रं
यदा वृष्टिः भवति तदा छत्रस्य उपयोगः भवति
उद्घाटनं भवति
उद्घाटनं भवति
उत्तमं यदा सूर्यः उदेति तदा अन्धकारः
विनश्यति
उत्तमं यदा सूर्यः उदेति तदा कमलं
विकसति
उत्तमं यदा वायुः वाति तदा फलं
पतति
उत्तमं यदा वायुः वाति तदा पत्रं
कम्पते
कम्पते बहु सम्यक् अग्रे अवधेयम् इत्यत्र किं लिखितुं पठतु
हा अवधेयं यदा कस्यापि अन्यस्य जनस्य ग्रन्थस्य वा वचनं कथनं सन्देशः इत्यादीनाम् उद्धरणं क्रियते तदा वचनकथनसन्देशादीनाम् अन्ते इति अव्ययस्य प्रयोगः भवति इति अव्ययात् पूर्वं वचनं कथनं वा यथावत् उच्यते यथा अहम् अद्य एव मिलामि इति नागेन्द्रः अवदत् अत्र कस्यापि जनस्य ग्रन्थस्य वा वचनं कोऽपि किमपि वदति तस्य तस्य किमपि किं वदेम वचनं भवति तस्य उक्तं वचनं भवति अथवा यस्य ग्रन्थे किमपि उक्तमस्ति ग्रन्थः किमपि वदति तदा तत् वचनस्य अनन्तरम् इति अव्ययस्य प्रयोगः भवति
अत्रापि यदा तदा प्रयोगः अस्ति यदा कस्यापि अन्यस्य जनस्य वचनं कस्यापि अन्यस्य जनस्य कथनम् अन्यस्य जनस्य सन्देशः अथवा अन्यस्य ग्रन्थस्य वचनं कथनं सन्देशः इत्यादीनाम् उद्धरणं क्रियते अत्र उद्धरणं क्रियते इति कथनेन उत्तोलनं क्रियते उद्धरणम् अथवा उत्तोलनम् उन्मूलनम् इति वक्तुं शक्यते उद्धरणम् इति ल्युडन्तपदमस्ति तत्र धातुः कः
रु इति धातुः
उद्योगः हरणम्
उद्योगः हरणं
क्रियते इति
क्रियते इति कृ धातोः भावकर्मणोः इति
कर्मणि लट् उत्तमं यदा यदा कस्यापि अन्यजनस्य वचनं कथनं सन्देशः इत्यादीनाम् उद्धरणं क्रियते तदा वचनकथनसन्देशादीनाम् अन्ते इति अव्ययस्य प्रयोगः भवति अपि च इतोपि किं लिखितमस्ति इति अव्ययात् पूर्वं वचनं कथनं वा यथावत् उच्यते इन्वर्टेड् कामास् कोटेशन् उच्यते तत्र
उच्यते इति उच्यते अपि कर्मणि लट् अत्र भावे लट् भवति इति मन्ये
अत्र कर्मणि लट् एव वच्धातुः सकर्मकः
कर्मणि लट् एव तर्हि तत्र यक् प्रत्ययः भवति यक् प्रत्ययः वच् धातुः तत्र यक् प्रत्ययः आत्मनेपदी लट् प्रत्ययः इति भवति यक् प्रत्ययः कित् भवति इति कृत्वा पुनः वचिस्वपि यजादीनां किति इति सूत्रेण तत्र सम्प्रसारणं भूत्वा वकारस्य स्थाने उकारः आगच्छति स्थानेन्तरतमः इत्यनेन उ अ इत्यस्मिन् एतयोः मध्ये सम्प्रसारणाच्च इत्यनेन पूर्वरूपमेकादेशः भवति उ इति भवति अतः उ च उच् इति भवति यक् इत्यस्मात् य एव अवशिष्यते
भावकर्मणोः सूत्रेण ते इति आत्मनेपदप्रत्ययः आयाति
खलु भावकर्मणोः आमां सत्यम्
उत्तमम् उच्यते इति वच् धातोः कर्मणि लट् रूपम् अस्ति अवधेयम् इति रूपमस्ति ऊहं करोतु तत् कीदृशं पदम्
अवधेयम् भवत्या उक्तमस्ति परन्तु विस्मृतवती अधुना
चिन्ता मास्तु अत्र अव उपसर्गपूर्वक धा धातुः अस्ति धा धातुः आकारान्तधातुः अस्ति इति कारणतः अचो यत् इति सूत्रेण यत् प्रत्ययः विहितः भवति इत्युक्ते अजन्तधातुः अस्ति चेत् यत् प्रत्ययः हलन्तधातुः रुकारान्तधातुः अस्ति चेत् रुहलोरण्यत् इति सूत्रेण ण्यत् प्रत्ययः विहितः भवति किन्तु अत्र धातुः धा अस्ति आकारान्तधातुः अतः अचोयत् सूत्रेण यत् प्रत्ययः विहितः भवति धायोगः यत् इति स्थितिः अस्ति किन्तु तत्र एकम् अन्यत् विशिष्टं सूत्रम् आवश्यकम् ईद् यति इति सूत्रमस्ति यत् प्रत्यये परे ईकारादेशः भवति गुणसन्धिकार्यमपि भवति ईद्यति सूत्रम् अपि च आद्गुणः इति सूत्रद्वयेन तत्र धेयम् इति रूपं सिध्यति धा धातुतः यत् योजनेन धेयम् अव उपसर्गपूर्वकः
किं किं सूत्रं भवती उक्तवती इद्यति
ईद्यति अग्रे किञ्चित् पठित्वा समापयाम सुजाता भगिनी भवती पठतु
अभ्यासः इति शब्दं प्रयुज्य वाक्यानि पुनः लिखत इति अव्ययमस्ति प्रयुज्य प्रा उपसर्ग अस्ति युजिधातुतः लेबन्तरूपं प्रयुज्य वाक्यानि पुनः लिखत लोट् लकार
पदं कुत्र आगच्छति कस्मात् आगच्छति शब्दम् इति पदं किं धातुतः कः धातुतः आगच्छति
शब्द इति धातुः चुरादिगणे अस्ति शब्द इति धातुः अस्ति चुरादिगणे लट्टि रूपमस्ति शब्दयति टु अटर् टु सौण्ड् इत्यस्मिन् अर्थे शब्द इति धातुः अस्ति तस्मात् निर्मितं पदमेव शब्दः शब्दः इति पुंलिङ्गपदं पदमिति नपुंसकलिङ्गपदं भगिनी रूपाणि वदतु सुजाता भगिनी शब्दः इत्यत्र
शब्दः शब्दौ शब्दाः शब्दं शब्दौ शब्दान्
तावत् पर्याप्तं शब्दः तु पुंलिङ्गशब्दः पदमिति नपुंसकलिङ्गपदमस्ति प्रयुज्य इति ल्यवन्तरूपमस्ति अणिजन्तल्यवन्तम् इति वक्तुं शक्यते णिजन्तमस्ति चेत् प्रयोज्य इति रूपं भवति युज् धातुः रुधादिगणे अस्ति प्रा उपसर्गपूर्वक युज् धातुतः ल्यप् प्रत्ययस्य योजनेन प्रयुज्य भगिनी अत्र काठिन्यं नास्ति खलु रूपं साधयतु प्रयुज्य
प्रयुज्य प्रा उपसर्ग युज् धातुतः कस्मिन् गणे अस्ति
तत्र गणप्रसङ्गः नास्ति ल्यबन्तम् आर्धधातुकरूपम् आर्धधातुककृदन्तरूपं खलु
आम् आं भगिनि
आर्धधातुककृदन्तरूपम् अस्ति इति कारणतः गणचिन्तनम् अनावश्यकम् इडागमचिन्तनं करणीयं किमपि कार्यं नास्ति प्रा उपसर्गपूर्वक युज् धातुतः ल्यप् योजनेन
यकारः अवशिष्यते
या अवशिष्यते यकारः
या अवशिष्यते युज्या भवति
केवलं वर्णमेलनमेव
भगिनि
प्रायोगः युज् योगः या प्रयुज्य अत्र पठतु वाक्यम्
अहम् अद्य एव कार्यं पूर्णं करिष्यामि
वाक्यानि इति पदं कथं सिद्ध्यति वाक्यानि वच् धातुतः किं भवति
कक्षायाः आदौ उक्तवती तत्र वच् धातुः अस्ति वच् धातुः हलन्तधातुः रुहलोरण्यत् इति सूत्रमस्ति अयं धातुः हलन्तधातुः इति कारणतः रुहलोरण्यत् इति सूत्रेण वच् धातुतः ण्यत् प्रत्ययः विहितः भवति ण्यत् प्रत्ययः णित् अस्ति वच् धातुः अदुपधधातुः अस्ति इति कारणतः अत उपधायाः इति सूत्रेण वच् धातुः अदुपधधातुः चकारात् पूर्वं ह्रस्वकारः अस्ति तस्मात् परं णित् प्रत्ययः अस्ति ण्यत् इति कथनेन णित् अस्ति इति कारणतः वृद्धिकार्यं भवति ह्रस्वकारस्य वृद्धिः भूत्वा आकारः आयाति वच् इत्यस्य रूपं वाच् भवति वाच् योगः ण्यत् इत्यत्र अनुबन्धलोपे सति या अवशिष्यते तदा तत्र वाच्यम् इति एकं रूपं सिद्ध्यति वाक्यम् इति अन्यद् रूपं सिद्ध्यति किमर्थं तथा इति प्रश्ने सति तत्र एकं वार्तिकमस्ति वचोः अशब्दसंज्ञायाम् इति एकं वार्तिकमस्ति वचोः अशब्दसंज्ञायां कुत्वं भवति अशब्दसंज्ञायां वच् धातोः प्रसङ्गे कुत्वं भूत्वा वाक्यम् इति रूपं सिद्ध्यति किन्तु वाच्यं रूपमपि अस्ति वाक्यमपि अस्ति किन्तु वाच्यम् इत्यत्र त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति वाच्यं वाच्या वाच्यः एकं वार्तिकमस्ति रुवर्णात् नस्य अणत्वं वाच्यम् इति कथनेन तत्र वाच्यम् इति पदं प्रयुक्तमस्ति वाक्यमिति साधारणं पदमेव तत्र वचो अशब्दसंज्ञायाम् इति वार्तिकेन कुत्वं भूत्वा वाक्यम् इति रूपं सिद्ध्यति अग्रे पठतु भगिनि
अहम् अद्य एव कार्यं पूर्णं करिष्यामि नवीनः अवदत् अहम् अद्य एव कार्यं पूर्णं करिष्यामि इति नवीनः अवदत्
साधु कार्यम् इति कीदृशं पदं सुन्दरमहोदय वदतु
तदपि णत् प्रत्ययः क्री धातोः ण्यत् प्रत्ययस्य योजनेन कार्यम् इति रूपं सिद्ध्यति कृ योगे ण्यत् प्रत्ययः णित् प्रत्ययः इति कारणेन
अत उपधायाः सूत्रं कार्यं न करोति अत्र अन्यत् सूत्रं कार्यं करोति किमर्थम् अचोयणिति
न्यत् प्रत्ययः ओके अचोयणिति
सुजाता भगिनी किमर्थम् अचोयणिति धातुः कीदृशः अजन्तधातुः खलु कुरु इति कथनेन अचुवर्णः ऋकारः अचुवर्णः खलु अत्र सूत्रं किं वदति रु हलोर्ण्यत् इति सूत्रं वदति रु इति कथनेन ऋकारान्तधातूनां प्रसङ्गे हलन्तधातूनां प्रसङ्गे रु हलोर्ण्यत् इति सूत्रेण ण्यत् प्रत्ययः विहितः भवति अत्र क्रू धातुः ऋकारान्तधातुः अजन्तधातुः तत्र ण्यत् प्रत्ययः णित् अस्ति इति कारणतः णिति परे अचोयणिति इति सूत्रेण वृद्धिकार्यं भूत्वा क्रू इत्यस्य रूपं कार् भवति कार्योगः या कार्यम् इति रूपं भवति पूर्णं वदतु
पूर्णं इति ओके पृ इति दातु दीर्घ ऋकारान्त दातु पृ इति धातुः
पूरी आप्यायने इति एकः धातुः अस्ति पूरी इति कथनेन तत्र दीर्घ ईकारः अनुनासिकः अस्ति अतः उपदेशे जनुनासिक इत् इति सूत्रेण दीर्घ ईकारस्य इत् संज्ञा भूत्वा पूर् भवति
पूर् भवति ओके पूर् योगे ल्युट् ल्युट् प्रत्ययस्य योजनं किल
अत्र ल्युट् अस्ति वा
पूर्णं न त प्रत्ययस्य योजनेन प्रत्ययस्य योजनेन ककारः लषक्वतद्विते इति सूत्रेण इत्संज्ञा भवति लोपः भवति त एव अवशिष्यते पूर् योगे त तकारः नकारः भवति किं सूत्रेण विशेषसूत्रे
तत्र रदाभ्यां निष्ठातः पूर्वस्य च दः इति एकं विशिष्टं सूत्रमस्ति तेन सूत्रेण तत्र नकारः आगतः रेफकारणात् मूर्धन्य णकारः आगच्छति पूर्णः पूर्णः इति पुंसि पूर्णम् इति नपुंसि रूपम् अस्ति कार्यं पूर्णं द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति सम्पूर्णम् इत्यत्र किमस्ति
सम् इति उपसर्गपूर्वक पूरि इति धातोः प्रत्ययस्य योजनेन सम्पूर्णम् इति पदं सिद्ध्यति
अत्र नवीनः इति पुंलिङ्गे रूपं दत्तमस्ति तस्य रूपाणि त्रिषु लिङ्गेषु सम्भवन्ति खलु
आं भगिनि नवीनः नवीनः नवीनौ नवीनाः
न त्रिषु लिङ्गेषु
त्रिषु लिङ्गेषु ओके नवीनः नवीना नवीनम्
त्रिषु लिङ्गेषु रूपाणि सन्ति
नवीनः इत्युक्ते नूतनम् इति अर्थं सिद्ध्यति वा
नूतन इति प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि नूतनः नूतनं नूतना नूतना पद्धतिः नवीना पद्धतिः नूतनं पुस्तकं नवीनं पुस्तकम् अत्र एव शब्दस्य प्रयोगः किमर्थमस्ति एव शब्दस्य प्रयोगः भवति चेत् एव इति अव्ययस्य प्रयोगः कदा भवति
अद्य एव ओके सः कथयति अग्रिमदिनं न करोमि अद्य एव करोमि इति अद्य इति स्ट्रेसिङ्ग् टुडे इट्सेल्फ
निश्चयार्थे उक्त्वा अन्यस्य निवारणं करोति अन्यस्य निवारणं करोति इत्युक्ते
करिष्यामि अद्य एव करोमि इति तादृशं
अन्यस्य निवारणं करोति करिष्यामि इत्यत्र किं भवति रूपसिद्धौ
कृ धातोः स्य लृट् इत्यस्य स्य स्य इति प्रत्ययः योजनं भविष्यति कृ योगे स्य योगे
शुभदा भगिनी भवती वक्तुमिच्छति वा करिष्यामि
हा भगिनी प्रयत्नं करोमि करिष्यामि इति लृट् लकारस्य उत्तमपुरुषस्य एकवचनं तत्र क्रू इत्यस्य क्रू मिप् इति भवति उत्तमपुरुषस्य एकवचनस्य विवक्षायां क्रू मिप् इति भवति तत्र लृट् लकारस्य स्यतासि लृलुटोः इत्यनेन स्य प्रत्ययः आगच्छति अतः स्य मि इति भवति क्रू स्य मि इति तत्र तत्र अक्रु इति अनिट् धातुः, परन्तु तत्र एकं सूत्रमस्ति रुद्धनोः स्येः वा स्येव
रुद्धनोः स्ये
रुद्धनोः स्ये इति हा स्य इत्यस्य सप्तमी एकवचनं स्ये इति, अतः रुद्धनोः स्ये इत्यनेन तत्र इडागमः भवति, अतः इ स्य इस्य मि मिप् इति भवति मिप् इति भवति
लृट्लकारप्रसङ्गे स्यति स्यतः स्यन्ति स्यसि स्यथः तथा सिद्धप्रत्ययान् वदामश्चेत् पर्याप्तं भवति. किमर्थं चेत् तत्र पृथक्तया तस्य प्रयोगः न भवति. स्यावः स्यामः एवं सिद्धप्रत्ययान् योजयामः. अत्र क्रु धातुतः स्यामि योजयतु.
क्रु योगः क्रु स्यामि इति भवति चेत् तत्र रुद्धनोः स्य इत्यनेन इडागमः भवति. इस्यामि इति भवति. अधुना इस्यामि इति आर्धधातुकप्रत्ययः आर्धधातुकस्येड्वलादेः क्षम्यताम्
आर्धधातुकस्येड्वलादेः सूत्रेण स्या प्रत्ययः सेट् प्रत्ययः
सेट् प्रत्ययः. अतः तत्र रुद्धनोः स्य इत्यनेन इडागमः भवति अभवत्.
स्या प्रत्ययः तु इडनुकूलप्रत्ययः एव, किन्तु धातुः अनिट् अस्ति. कथं जानीमः धातुः अनिट् इति? कृतवान्, कृतवती, कृतं, कृत्वा इत्यादिषु अर्धधातुकरूपेषु तत्र इडागमः न दृश्यते. कृत्वा, कृतं, कृतवान् इत्यादिषु इडागमः न दृश्यते. इत्युक्ते धातुः वस्तुतः अनिट् धातुः, किन्तु स्या प्रत्यये परे एव इडागमः भवति.
स्या प्रत्यये परे एव इडागमः भवति. अतः इस्य इस्य मि इति वयं प्राप्नुमः. क्रु इस्य इति अधुना आर्धधातुकप्रत्ययः इति कृत्वा सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति. इगन्तस्य अङ्गस्य गुणः भवति. अतः क्रु इत्यस्य ऋकारस्य गुणः भूत्वा उरन् रपरः इत्यनेन रपरः भूत्वा अर् इति भवति. कर् इति तत्र रूपं प्राप्नुमः. कर् इस्यति इस्य मि करिष्य इति वर्णमेलनेन वयं प्राप्नुमः. करिष्य मि अत्र मकारः
स्यामि इति प्रत्ययं योजयामः. स्यामि इति सिद्धप्रत्ययः, इत्युक्ते एकस्मिन् प्रकोष्ठे सिद्धप्रत्ययान् निर्मामः, अन्यस्मिन् प्रकोष्ठे अङ्गं निर्मामः, पश्चात् अङ्गसिद्धतिङ्प्रत्ययोः मेलनं कुर्मः. इत्युक्ते स्यामि, स्यावः, स्यामः इत्यादयः लृट्लकारप्रसङ्गे सिद्धप्रत्ययाः. अपि च इकारः अस्ति इति कारणतः वदतु आदेशप्रत्ययोः.
इकारः अस्ति इति कृत्वा प्रत्ययस्य सकारस्य मूर्धन्यषकारः भवति इण्कुभ्यां परः. अतः करिष्यामि इति भवति.
उत्तमं. प्रत्ययः इडनुकूलः, धातुः अपि इडनुकूलः अस्ति चेदेव इडागमः भवति. किन्तु अत्र क्रु धातुः सेट् नास्ति, अनिट् धातुः अस्ति. इत्युक्ते रुद्धनोः स्ये इति सूत्रम् अपवादसूत्रमस्ति. इत्युक्ते विशिष्टसूत्रेण अत्र इडागमः भवति. वस्तुतः क्रु धातुः अनिट् एव. क्रु धातुतः करिष्यति इति रूपम् अस्ति. हृ अस्ति चेत्
रु अस्ति चेत् हरिष्यति.
उत्तमं. भ्रु अस्ति चेत्
भ्रु भरिष्यति.
ध्रु अस्ति चेत्
धरिष्यति.
हन् अस्ति चेत्
हनिष्यति.
उत्तमं. रुद्धनोः स्ये इति सूत्रे तदेव उक्तम् अस्ति. ऋकारान्तधातूनां प्रसङ्गे अपि च हन् धातोः प्रसङ्गे स्या प्रत्यये परे इडागमः भवति. अत्र हन् धातुः वस्तुतः अनिट् धातुः, किन्तु स्या प्रत्यये परे इडागमः भूत्वा हनिष्यति इति रूपं सिध्यति. सुजाता भगिनी अग्रिमं वाक्यं करोतु.
सत्यम् एव जीवनस्य आधारशीला महात्मा गान्धी अचिन्तयत्. सत्यम् एव जीवनस्य आधारशीला महात्मा गान्धी अचिन्तयत्
इति योजयित्वा वक्तव्यं खलु.
सत्यम् एव जीवनस्य आधारशीला इति महात्मा गान्धी अचिन्तयत्.
सत्यं योगः एव, तत्र वर्णमेलनं खलु. सन्धिकार्यं नास्ति खलु
नास्ति
किमर्थं चेत् तत्र एकारः अचुवर्णः हल् वर्णः अस्ति चेदेव
अत्र सत्यमिति पदमपि ण्यत् प्रत्ययस्य योजनेन एव आगच्छति किल सत् इति सन् सन् सन्तो सन् इति पदेन सह ण्यत् प्रत्ययस्य योजन एव सत्यम् इति पदं सिद्ध्यति किल
ण्यत् प्रत्ययः कृत् प्रत्ययः इत्युक्ते धातुतः विधीयमानः प्रत्ययः तत्र चिन्तनं किमस्ति इति ज्ञातव्यम् कार्यं पाठ्यं बोध्यम् इत्यादिषु धातुः अस्ति धातुतः ण्यत् प्रत्ययः अथवा यत् प्रत्ययः युज्यते चेत् तादृशं रूपं सिद्ध्यति किन्तु अत्र चिन्तनं किम् इति पृथक्तया चिन्तनं करणीयम् अस्ति सत्यम् इति कथनेन यथार्थं यथार्थम् इत्यत्र कः समासः अस्ति भवान् वदतु
अव्ययीभावसमासः यथा अतिक्रम्य
वदतु
अर्थम् अनतिक्रम्य इति अव्ययीभावसमासः यथार्थम्
अर्थम् अनतिक्रम्य अर्थम् अनतिक्रम्य यथार्थम् इति भवति तस्य कृते अपि एकं दीर्घं सूत्रमस्ति अव्ययीभावसमासस्य प्रसङ्गे जीवनं कीदृशं पदं वदतु
जीव् इति धातोः ल्युडन् ल्युडन्तं पदं जीव् योगे ल्युट्
प्राणधारणे इत्यस्मिन् अर्थे जीवधातुः अस्ति जीवधातुतः ल्युट् प्रत्ययः अस्ति इति कारणतः जीवनम् इति रूपं सिद्ध्यति कथाप्रत्ययं योजयतु
जीवितः इति भवति
नपुंसकलिङ्गे किं भवति
जीवितं
जीवितम् इति भवति भवान् जानाति खलु
जीवितं जानामि
तत्र धातुः सेट् अस्ति कथाप्रत्ययः अपि इडनुकूलप्रत्ययः तकारादिप्रत्ययः अस्ति इति कारणतः अर्धधातुकस्येड्वलादेः नेड्वशीकृति इति सूत्रद्वयेन कथाप्रत्ययः अपि सेट् भवति अतः जीवित इति प्रातिपदिकं जीवितम् इति नपुंसकलिङ्गपदमस्ति तवत् रूपं किम् अस्ति
तवत् रूपं जीवितवान् इति
त्वान्तरूपं
त्वान्तरूपं जीवित्वा
उत्तमं तुमन्नन्तं किं भवति
तुमन्नन्तं जीवितुम् इति
इत्युक्ते जीवितं जीवितवान् जीवित्वा जीवितुम् एतेषु चतुर्षु पदेषु इडागमः दृश्यते एते प्रत्ययाः तकारादिप्रत्ययाः क्ता क्तवतु क्त्वा तुमुन् एते प्रत्ययाः तकारादिप्रत्ययाः अतः तकारः वलादिः अस्ति अपि च वशादिः नास्ति इत्यतः सेट् भवति अतः इडागमसहितं रूपम् अस्ति जीवधातुः सेट् धातुः इति कारणतः जीवधातोः सन्नन्तरूपं जिजीविषति भवान् श्रुतवान् खलु शैलम् इति रूपं
शैलं
शैलम् इति पदं कस्मात् प्रातिपदिकात् निर्मितम्
यद् शिला इति प्रातिपदिकात् निर्मितं पदं शैलम् इति
शिलायाः भवं शैलं
शिलायाः भवं
तत्र शिलायाः इति कथनेन
अहं चिन्तयामि शिलातः निर्मितं
शिलातः निर्मितम् अण् प्रत्ययः अस्ति शिला इति प्रातिपदिकमस्ति शिला इति प्रातिपदिकं स्वीकृत्य अण् प्रत्ययस्य योजनेन तद्धितप्रत्ययस्य योजनेन शैलम् आदिमवर्णस्य वृद्धिः भवति इकारस्य वृद्धिः
ऐकारः
शिला इत्युक्ते पाषाणखण्डः
दृशद् इत्यपि पाषाणमेव किल दृशद्
तत्र प्रातिपदिकं किम् अस्ति
प्रातिपदिकं दृशद् इति अस्ति दृशदि अत्र ओके मेघदूतम् इट् कमिङ्ग् दृशदि व्यक्तं तादृशम् एकं श्लोकम् अस्ति मेघदूते
अस्तु श्लोकः इति पुंलिङ्गपदमेव जीवनस्य आधारशिला इति लिखितम् अस्ति आधारशिला इति कथनेन फौण्डेशन् इति वक्तुं शक्यते खलु
आम् आम्
ध्रुधातुतः धारः इति रूपं सिद्ध्यति आधारः आधारः अपि पुंलिङ्गपदमेव
ग्रै एव किल
महात्मा इति समस्तपदमस्ति विग्रहवाक्यं वदतु
महान् च महान् च असौ आत्मा च महात्मा
महान् च असौ आत्मा च इति विग्रहवाक्यं कथयामि चेत् तत्र विशेषणपूर्वपदकर्मधारे समासः अस्ति किन्तु अस्मिन् वाक्ये महात्मा इति गान्धीमहोदयस्य विशेषणमस्ति इत्यतः बहुव्रीहिसमासः वक्तव्यः
महान् महान् आत्मा यः सः यस्य सः महान् आत्मा यस्य सः
गान्धीमहोदयस्य विशेषणमस्ति इत्युक्ते अन्यपदस्य विशेषणं भवति बहुव्रीहिसमासयुक्तं पदं महात्मा गान्धिमहोदयः इति वक्तव्यमस्ति अचिन्तयत् वदतु
अचिन्तयत् चितिम् इति धातोः लङ् लङ् रूपम् अस्ति अडागमः भवति चितिम् इति धातोः चितिम् इति धातुः इदित् धातुः अस्ति अत्र चितिम् इति धातोः इकार अनुनासिक इकारः उपदेश अजनुनासिक इति सूत्रेण
धातुः इदित् धातुः अस्ति इति कारणतः इदितोनुं धातोः सूत्रेण नुमागमः भवति इति वक्तव्यम्
तदेव किमर्थम् इदित् धातुः इति प्रथमं कथनीयं किल किमर्थम् इदित् धातुः इति कथयामि तदेव इत् इत् यस्य सः इत् इत् यस्य सः इति कारणेन इदित् धातुः अस्ति तत्र इदितो नुम् धातोः इति सूत्रेण नुमागमः भवति नुमागमः मित् अस्ति मकारः इत्संज्ञा भूत्वा लोपः भवति इति कारणेन नुमागमः मित् अस्ति इति कारणेन मितचोन्त्यात् परः इति सूत्रेण अन्त्यात् अचः परः आगच्छति एतत् नुमागमः नकारः ओके सो चित् इति अवशिष्यते तदनन्तरं नकारः अन्त्यात् अचः परः आगच्छति इति कारणेन इकारस्य परः नुमागम आगत्य तिष्ठति चिन्त् इति भवति तदनन्तरं नश्च अपदान्तस्य जलि इति सूत्रेण तस्य नकारस्य अनुस्वारः भवति तदनन्तरं चिन्त् इति भवति चि अनुस्वारः इत् चिन्त् इति भवति तदनन्तरं अनुस्वारस्य यै परे परसवर्णः इति सूत्रेण यै प्रत्याहारे परे तत्र चिन्त् तकारस्य परसवर्णः आगच्छति त त द ध न सो पुनरेकवारं नकारः तत्र आगच्छति चिन्त् इति अन्तिमं रूपं सिद्ध्यति दशमगणीयधातुः
उत्तमम् अत्रापि तिप् इति प्रत्यये तत्र ति इति रूपम् अस्ति खलु ति इत्यस्मात् ईकारस्य लोपः इतश्च इति सूत्रेण भूत्वा अन्ते तकारः आगतः अडागमः भवति इति वार्ता अचिन्तयत् इत्यत्र इतश्च सूत्रं कार्यं करोति सिद्धतिङ् प्रत्ययस्य रूपसाधनवेलायां लङ्लकारप्रसङ्गे सिद्धतिङ् प्रत्ययस्य रूपसाधनवेलायाम् इतश्च इति सूत्रं स्मर्तव्यम् तृतीयं वाक्यं भवान् करोतु
तृतीयं वाक्यं राष्ट्राय इदं न मम इति श्रीगुरुजीः चिन्तितवान् राष्ट्राय सो चतुर्थी विभक्ति राष्ट्राय इति भवति
राष्ट्रम् इति नपुंसकलिङ्गपदम् अस्ति बहुवचनं किमस्ति
बहुवचने राष्ट्रं राष्ट्रं राष्ट्रे राष्ट्राणि इति भवति वा राष्ट्रं राष्ट्रे राष्ट्राणि अणकारयुक्तं पदम्
समीपे यः वर्णः अस्ति सः एव वर्णः निमित्तं भवितुमर्हति
करोत्तरवती रेफः अपि अस्ति खलु राष्ट्र इति ट ट र इति अस्ति खलु अन्तिमं रेफः अपि अस्ति खलु राष्ट्र इति रेफः टकारोत्तरवर्ती रेफः एकः अस्ति खलु
इत्युक्ते राष्ट्राणि भवति वा
इति मन्ये
आकारः एव व्यवधानरूपेण तिष्ठति आकारः अट्वर्णः अस्ति
आदौ रेफः अस्ति पश्चात् शकारः अस्ति पश्चात् पुनः रेफः अस्ति
आम्
णत्वसहितं रूपमेव भवति खलु
आम् आम्
आं भगिनि
अट्वर्णः
अस्ति
पत्रमस्ति चेत्
पत्रमस्ति चेत् पत्रं पत्रे पत्राणि णकारयुक्तम् आगच्छति
पत्राणि अस्ति खलु एवमेव अत्रापि शास्त्रमस्ति चेत्
शास्त्रमस्ति चेदपि शास्त्राणि इति अट्कुत्वान्नं व्यवायेपि तदेव सूत्रं कार्यं करोति
शास्त्रं शास्त्राणि पत्रं पत्राणि सो अत्रापि राष्ट्रं राष्ट्राणि इति एव भवितुमर्हति स्यास् धातुतः स्ट्रन् योजनेन शास्त्रं पत् धातुतः पत्रम् अहं चिन्तयामि राज् धातुतः राष्ट्रम् इति रूपम् अत्र राष्ट्राय इदम् इति पृथक्तया लिखितम् अस्ति समस्तपदं कृत्वा लिखामश्चेत्
राष्ट्राय इदं राष्ट्राय इदं राष्ट्रीयम् इति भवति
राष्ट्रार्थं
राष्ट्रार्थं वा ओके
कस्मै इदं किमर्थं भोजनाय इदं भोजनार्थम् एवमेव अत्रापि समस्तपद्मं कुर्मः चेत् राष्ट्राय इदम् इत्यत्र राष्ट्रार्थम् इति वक्तुं शक्यते अत्र अस्मिन् वाक्ये गुरुजीः इति लिखितमस्ति तादृशप्रयोगः अस्ति वा शुभदा भगिनी भवती किं चिन्तयति अत्र जीः इति लिखितमस्ति हिन्दीभाषायां जीः इति वदामः खलु
जी इति आदरार्थे अस्ति गुरुः तस्य आदरार्थे जी इति वयं वदामः तावदेव तत्र गुरुजी
हिन्दीभाषायामपि न भवति भगिनि हिन्दीभाषायां गुरुजी एव भवति तत्र विसर्गः नास्ति हिन्दीभाषायां तत्र स्त्रीलिङ्गपदं भवति किल जीः इति कथनेन
गुरुशब्दं जानीमः किन्तु तस्मात् परं जीः इति लिखितम् अस्ति अत्र किं चिन्तनमस्ति
महात्मा गान्धी इति अस्ति खलु गान्धी इति दीर्घ ईकारान्त एव अस्ति परन्तु अत्र तस्य ह्रस्वः अभवत् महात्मा गान्धिः इति अभवत् अत्रापि तत् अनुसृत्य अत्रापि गुरुजिः इति भवितुम् अर्हति इति मन्ये नामपदमस्ति चेत्
गान्धिजिः इत्यपि भवितुम् अर्हति किल गान्धी इति तस्य पदस्य अन्ते अपि नामपदस्य अन्ते एव आगच्छति गान्धिः हरिशब्दवत् गान्धिः गान्धी गान्धयः तादृशं भवति
इदं न मम इदं न मम इति कथनेन वदति
इदं न मम इदं मकारस्य नकार भवति
इदं न मम इति कथनेन कः अर्थः
इदं मम नास्ति
कृष्णार्पणमस्तु इति
इदं न मम राष्ट्राय इदम् इदम् इति नपुंसकलिङ्गपदम् अस्ति मकारान्तप्रातिपदिकम् अस्ति इदम् इति मकारान्तप्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति पुंलिङ्गे अयम् इति रूपं सिध्यति नपुंसकलिङ्गे इदम् इमे इमानि इदम् इमे इमानि इति रूपाणि भवन्ति राष्ट्राय इदम् इदं न मम इति अत्र अर्थः अस्ति चिन्तितवान् रूपं वयं जानीमः खलु महोदय भवान् वदतु
आम् चिन्तितवान् इति चित्रम् इति धातोः तवतु प्रत्ययस्य योजनेन चिन्तितवान् इति रूपं सिद्ध्यति
ल्युडन्तं किमस्ति
ल्युडन्तं चिन्तनम् इति ल्युडन्तपदम्
उत्तमं चिन्तयित्वा इति क्त्वान्तरूपं भवति विचिन्त्य साधारणतया वयं तस्य प्रयोगं कुर्मः विचिन्त्य वदतु
ल्यप् प्रत्ययस्य योजनेन विचिन्त्य वि उपसर्गपूर्वक चित्यम् इति धातोः ल्यबन्तम् अपि
एवं चिन्तयितुं शक्यते खलु इति वदामः चेत् तत्र चिन्तयितुम् इति तुमन्नन्तं रूपम् अस्ति. अग्रिमं वाक्यं भवानेव करोतु
भगिनी. चित्त चित्ति इति इत्यस्य कृते धातुत्रयम् अस्ति इति अहं दृष्टवती. चित्त चित्ता इति अस्ति चेत् अकारः अनुनासिक अकारः अन्ते अस्ति चेत् तत्र चित्ता सञ्चेतने चुरादिगणीय भवति. तदनन्तरं चित्ति संज्ञाने इति अपि भवति भवादिगणीय. तत्र चेतति एततः इति रूपाणि भवन्ति. अपि च चिति स्मृत्यां चुरादिगणीय अपि अस्ति. यथा वयम् अधुना एव चर्चितवन्तः तदेव धातुः. तत्र चिति इत्यत्र इदितोनुं धातोः यथा भवान् महोदय उक्तवान् तत्र चिन्त इति भवति. परन्तु चिति दीर्घ ईकारः अस्ति संज्ञाने इत्यत्र तु नुमागमः न भवति. किमर्थं चेत् तत्र दीर्घ ईकारः अनुनासिकः अस्ति.
इदित् नास्ति खलु. धातोः अर्थः आवश्यकः खलु. स्मृत्यां टु रिमेम्बर् टु थिङ्क् टु डिस्कस् एवम् इत्युक्ते स्मृत्याम् इति अर्थः आवश्यकः. चुरादिगणीयधातोः प्रसङ्गः एव अत्र अस्ति खलु.
अन्यधातुः किल अन्यत् अर्थः भवति किल दीर्घ ईकारः चिति इति धातुः.
तत्रापि अर्थ तु पूर्णतया समानत्तु न, परन्तु सार्ट् आफ् सञ्चेतने इत्यस्य अर्थः पुनः टु मेमरैज़् टु रिमेम्बर् टु मेडिटेट् टु थिङ्क् टु पर्सीव् विचार करना चिन्तन करना स्मरण करना इस् आल्सो देयर.
तस्य रूपं भुवादिगणे किं रूपम् अस्ति? चेतति अस्ति वा?
तत् अन्यत् एकः संज्ञाने तत्र चेतति इति भवति. चित्त सञ्चेतने इत्यस्य चेतयति इति भवति. अपि च चिति स्मृत्याम् इत्यस्य चिन्तयति इति भवति. रूपत्रयं धातुत्रयं
चेततः चेतन्ति तदेव चेतति चेततः चेतन्ति. भुवादिगणीयधातुः तत्र गुणः भवति.
चित् इति इदुपद्धधातुः अस्ति इति कारणतः शपं निमित्तीकृत्य गुणकार्यम्. किन्तु अस्माकं वाक्यस्य प्रसङ्गे स्मृत्याम् इति चुरादिगणीयधातोः चिन्तनमेव दत्तमस्ति इति मम अवगमनमस्ति. महोदय भवान् पठतु अग्रिमं वाक्यं.
भवन्तः मह्यं रक्तं यच्छन्तु, अहं भवद्भ्यः स्वातन्त्र्यं दास्यामि, सुभाष् चन्द्रबसुः उद्घोषयति. ओके. सो भवन्तः भूधातोः
न, अत्र प्रातिपदिकं भवत् प्रातिपदिकम् अस्ति. भवत् प्रातिपदिकं स्वीकृत्य भवान् भवन्तौ भवन्तः
भवत् प्रातिपदिकं स्वीकृत्य भवन्तः मह्यम् इति अस्मत् शब्दस्य चतुर्थी विभक्ति एकवचनं मह्यं.
चतुर्थी विभक्ति त्रीणि रूपाणि वदतु.
मह्यं पूर्वं मह्यं मे
आवाभ्यां
नौ अस्मभ्यं नः.
रक्तम् इति पदमस्ति. रक्तम् इति कीदृशं पदम् ऊहां करोतु.
रञ्ज् इति धातुः अस्ति. रञ्ज् इति धातुः अस्ति. तत्र रञ्ज् इति धातुतः त प्रत्ययस्य योजनेन रक्तम् इति पदं रक्तः इति प्रायः रक्तः इति एव रक्तः इति अनुरक्तः तादृशं बहूनि पदं सिद्ध्यन्ति.
रञ्ज् धातुतः कृत प्रत्ययस्य योजनेन रक्त इति प्रातिपदिकं सिद्ध्यति. नपुंसकलिङ्गे रक्तम् इति रूपमेव अस्ति. रक्तम् इति नपुंसकलिङ्गपदमेव. भवन्तः मह्यं रक्तं यच्छन्तु. कित् प्रत्यये परे नकारलोपः भवति. रञ्ज् धातुतः रक्त इति प्रातिपदिकं सिद्ध्यति. तत्र यच्छतु इति रूपं दत्तमस्ति. यच्छतु इत्यत्र किं चिन्तनमस्ति भवान् वदतु.
ओके. यच् इति धातुः धातोः अन्यत् रूपम् अस्ति. धातोः अन्यत् रूपम् अस्ति यच् इति.
दाधातुः अपि गणद्वये अस्ति. जुहोत्यादिगणे दाधातुः अस्ति चेत् तस्य रूपं डुदाम् जुहोत्यादिगणे द्वित्वं भवति द्वित्वकार्यं भूत्वा ददाति दत्तः ददति इत्यादीनि रूपाणि सिद्ध्यन्ति किन्तु दा धातुः दाने इत्यस्मिन् अर्थे भुवादिगणे अपि अस्ति भुवादिगणीयदा धातोः प्रसङ्गे एव शितिपरे यच्छ आदेशः भवति भुवादिगणे शप् विकरणप्रत्ययः आयाति इति कारणतः शितिपरे पाघ्राध्मा इति सूत्रेण तस्मिन् सूत्रे अस्य धातोः उल्लेखः अस्ति इत्युक्ते भुवादिगणीयदा धातोः प्रसङ्गे पाघ्राध्मा इति सूत्रेण यच् आदेशः भवति इति कृत्वा यच्छति यच्छतु इत्यादीनि रूपाणि सिद्ध्यन्ति किन्तु शितिपरे एव अग्रे वदतु
यच्छन्तु अहं भवद्भ्यः भवद्भ्यः भवत् इति प्रातिपदिकं स्वीकृत्य चतुर्थी विभक्ति बहुवचनं
रक्तम् इत्यस्मिन् स्थाने रुधिरं योजयितुं शक्यते वा
वक्तुं शक्यते रुधिरम् अपि
स्वातन्त्र्यं कीदृशं पदम्
तत्र तद्धितान्तं पदमस्ति स्वतन्त्रस्य भावः स्वातन्त्र्यम् इति
स्वातन्त्र्यं तस्य विरुद्धार्थकशब्दः कः आपोसिट् वर्ड्
आपोसिट् स्वातन्त्र्यम् आधीनता आधीनता
भगिनी वदतु
पारतन्त्र्यं
पारतन्त्र्यं परतन्त्र इति प्रातिपदिकं स्वीकृत्य पारतन्त्र्यं स्वतन्त्र इति प्रातिपदिकं स्वीकृत्य श्यञ् प्रत्ययस्य योजनेन स्वातन्त्र्यम् इति रूपं भवति स्वतन्त्र इत्युक्ते स्वस्य तन्त्रम् इति भवति वा
स्वस्य तन्त्रं तदेव भवितुम् अर्हति इति मन्ये स्वस्य तन्त्रं स्वतन्त्रं परेषां तन्त्रं परतन्त्रम्
अपरेषाम् इति कथयामः खलु परेषां साधु एव दास्यामि इत्यत्र किं चिन्तनमस्ति वदतु
दा धातोः लृट् प्रत्ययस्य योजनेन स्यामि इति भवति उत्तमपुरुष लृट् एकवचनं रूपम् अस्ति दा धातोः
पठिष्यामि खादिष्यामि इत्यत्र इडागमः अस्ति अत्र किमर्थं नास्ति
अत्र एतद् अनिट् धातुः अस्ति दा धातुः अनिट् धातुः अस्ति इति कारणेन इडागमः न भवति
दा धातुः भुवादिगणे अस्ति चेत् लृट् रूपं किं भवति जुहोत्यादिगणे अस्ति चेत् तस्य लृट् रूपं किं भवति दा धातुः गणद्वये अस्ति भुवादिगणे अस्ति जुहोत्यादिगणे अपि अस्ति तस्य रूपं भुवादिगणे किं भवति जुहोत्यादिगणे किं भवति
लृट् लृट् रूपं वा ओके दा धातु भुवादिगणे अस्ति चेत् तत्र ददाति ओके ददाति ओके तत्र औपदेशिकरूपं किं भवति डुदाञ्ज् वा
धातुः गणद्वये अस्ति चेदपि धातुः भुवादिगणे अस्ति चेत् तत्र द्वित्वकार्यं न भवति सार्वधातुकप्रक्रियायां सार्वधातुकप्रक्रियायाम् एव गणचिन्तनं भवति इत्युक्ते लट् लोट् लङ् विधिलिङ् चतुर्शलकारेषु भुवादिगणीय दा धातोः प्रसङ्गे द्वित्वं न भवति किन्तु धातुः जुहोत्यादिगणे अस्ति चेत् तदा द्वित्वकार्यं भवति सार्वधातुकप्रक्रियायां किन्तु लृट् लकारः आर्धधातुकलकारः अतः गणचिन्तनं नास्ति एकमेव रूपं तत्रापि दास्यामि जुहोत्यादिगणे अपि दास्यामि एव अवगतं खलु उत्तमम् उद्घोषितवान् तत्र किमस्ति
उत् इति उपसर्ग घुष् धातोः तवत् रूपम् अस्ति उत् योगे घुष् धातोः तवत् रूपम् अस्ति अत्र इडागमः भवति
एकवारं पश्यतु घुष् इति धातुः उक्तवान् क्तवत् प्रत्ययः कित् अस्ति क्तवत् प्रत्ययः कित् अस्ति इति कारणतः किमर्थं तत्र गुणकार्यं दृश्यते घुष् इत्यस्य गुणकार्यं भूत्वा घोष् भवति अत्र गुणकार्यम् अस्ति क्तवत् प्रत्ययः कित् अस्ति अत्र किं चिन्तनमस्ति
इति च इति सूत्रेण गुणनिषेधकः भवितव्यं किल
किन्तु गुणकार्यम् अस्ति किमर्थम् अणिच् अस्ति इति चिन्तयितुं शक्यते वा अणिच्
णिच् अस्ति चेत् घोषयितुं भवति खलु
चुरादिगणीयधातुषु स्वार्धे अपि णिच् विधीयते स्वार्धे अपि णिच् विधीयते चेत् तत्र किं भवति घुष् इत्यत्र णिच् प्रत्ययं निमित्तीकृत्य पुगन्तलघुपथस्य च इति सूत्रेण घोष् भवति घोषयति इति लटिरूपम् अस्ति घोषितवान् इति रूपं साधयितुं तत्र णिच् अस्ति इति अवगन्तुं शक्नुमः घुष् इत्यत्र णिच् प्रत्ययस्य योजनेन घोषि इति नूतनधातोः निर्माणं भवति घोषि योगः तवत् घोषितवत् इति रूपं भवति किन्तु घुष् धातुं स्वीकृत्य णिच् नास्ति चेत् किं रूपं सिद्ध्यति
उद्घुषितवान् इति किल
उद्घुष्टवान् इति अपि भवितुं शक्नोति सेट् नास्ति चेत् धातुः सेट् नास्ति चेत् उद्घुष्टवान् इति भवितुं शक्नोति किन्तु अत्र गुणकार्यमस्ति गुणकार्यमस्ति इति कारणतः निजन्तरूपम् इति मम अवगमनम् णिच् प्रत्ययः स्वार्थे अपि च प्रेरणार्थे भवति चुरादिगणे
भुवादिगणीये अपि धातुः अस्ति घुष् इति घुषिर् इति अस्ति तत्र अविशब्दने इति अर्थः अन्यत् एकं घुष् इति धातुः तत्र तु विशब्दने इति अर्थः घुषिर् इति अविशब्दने अन्यत् विशब्दने घुषिर् इति अविशब्दने यः अस्ति तत्तु भुवादिगणीयधातुः तत्र घुष् इति भवति घुष् इत्यस्य त्वान्तप्रत्ययः अपि घोषित्वा इति भवति किमर्थं न जाने
भगिनि अत्र अर्थं पश्यतु घोषितवान् उद्घोषितवान् इत्यत्र टु स्पीक् लौड्ली टु अनौन्स् इति अर्थः अस्ति खलु
आम्
अविशब्दने इति कथनेन तत्र भिन्न अर्थः अस्ति विशब्दने भिन्नम् अविशब्दने भिन्नं किन्तु अत्र अस्माकं प्रसङ्गः कः
द्वयोः रूपमेव औपदेशिकरूपमपि समानमेव विशब्दने एवम् अविशब्दने रूपं समानमेव घुषिर् इति
अत्र अर्थं पश्यतु
तत्र स्पीक् लौड्लि इति अस्ति चेत् चुरादिगणीय
चुरादिगणीयः अस्ति इति मम अवगमनं वाक्ये किमुक्तमस्ति सुभाष्चन्द्रवसुः उद्घोषितवान् भवन्तः मह्यं रक्तं यच्छन्तु भवद्भ्यः स्वातन्त्र्यं दास्यामि इति उद्घोषितवान्
घोषणां कृतवान् इति
तादृश अर्थः अत्र आवश्यकः अतः चुरादिगणीयधातुः इति मम अवगमनम् अन्तिमं वाक्यं भवती करोतु
बालाः धरायाः पुष्पाणि रवीन्द्रनाथ ठाकुरस्य चिन्तनम् आसीत् बालाः धरायाः पुष्पाणि अस्तु रवीन्द्रनाथ ठाकुरस्य चिन्तनम् आसीत् धरा इति आकारान्तस्त्रीलिङ्गशब्दः तस्य धरायाः इति षष्ठीविभक्ति एकवचनस्य रूपं बालाः इति बालाः इति बाला इति आकारान्तस्त्रीलिङ्गशब्दस्य प्रथमाविभक्ति बहुवचनरूपं पुष्पाणि इति पुष्पम् इति नपुंसकलिङ्गशब्दस्य प्रथमाविभक्ति बहुवचनं रूपं तत्र अट्कुप्वाङ्नुं व्यवायेपि इत्यनेन णत्वं भवति बालाः धरायाः पुष्पाणि तत्र बालाः बहु सुकुमाराः सन्ति अतः पुष्पाणि इव सन्ति
तत्र बालाः इति पुंलिङ्गे अस्ति वा स्त्रीलिङ्गे अस्ति वा
द्वयोः अपि
द्वयोः
बालः बालो बालाः बाला बाले बालाः द्वयोः अपि भवितुमर्हति
द्वयोः रूपमपि भवितुमर्हति धरायाः पुष्पाणि इत्यत्र समस्तपदं कर्तुं शक्यते वा
आम् धरा पुष्पाणि इति वक्तुं शक्यते
धरा इति पदं ध्रुधातुतः निर्मितम् इति मन्तव्यं वा
ध्रुधरणि आम्
धरणिः इत्यपि पदमस्ति किल धरणिः
भूमिः भूमिः धरा पृथिवी इत्यादीनि रूपाणि सन्ति
वसुन्धरा
वसुन्धरा उत्तमं धराधरः इति पदमस्ति चेत्
नृपः इति अर्थे वा
धरायाः धरः नृपः अथवा
स्वामिः
विष्णुः किमपि
धरां धरति इति अपि वक्तुं शक्यते वा
किन्तु महोदय तत्र समासप्रसङ्गे धरां धरति इति नास्ति, धरायाः धरः इति एव मया पठितं शुद्धिकौमुदी पुस्तके अहं पठितवती. इति शब्दस्य प्रसङ्गे विशेषचिन्तनं किम् इति प्रश्ने सति इति इति पदं प्रयुज्यापि वाक्यं लेखितुं शक्यते. इति इति पदस्य प्रयोगम् अकृत्वा अपि, पदस्य प्रयोगं विना अपि वाक्यं लेखितुं शक्यते. कथम् इत्युक्ते बालान् धरायाः पुष्पाणि चिन्तितवान्, बालान् पुष्पाणि चिन्तितवान् रवीन्द्रनाथ ठागूर् महोदयः इति अपि लेखितुं शक्यते. किमर्थं चेत् तत्र इति शब्दस्य प्रयोगं कृत्वा वदामश्चेत् परामृश्यमाणः शब्दः प्रथमाविभक्तौ स्यात्. इति शब्दं विना वाक्यं लेखितुमिच्छामश्चेत् तत्र द्वितीयाविभक्तेः प्रयोगः भवति इति मया पठितं. बालान् धरायाः पुष्पाणि चिन्तितवान् इति अपि वक्तुं शक्यते. इति शब्दस्य प्रयोगं विना, प्रयोगम् अकृत्वा अपि वाक्यं लेखितुं शक्यते. नामपदानां प्रसङ्गे बहु किमपि ज्ञातव्यं. भगिनी भवती अपि चिन्तयतु गुरुजीः इत्यत्र चिन्तनं किमस्ति इति. अस्तु, इमानि वाक्यानि समापितवन्तः. अग्रिमे पुटे इतोपि कानिचन वाक्यानि सन्ति, तेषां प्रसङ्गे अग्रिमे सप्ताहे चिन्तनं करिष्यामः. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.